भगिनी करपत्रे किमपि परिवर्तनम् अभवत् किम्?
अभवत् भगिनी. अस्तु, सर्वेषां समासचिन्तनवर्गे पुनः एकवारं स्वागतम्. गते सप्ताहे वयं समस्तपदनिर्माणावसरे उपसर्जनसंज्ञासूत्रद्वयं दृष्टवन्तः. तत्र सूत्रद्वयं किम् इत्युक्ते, प्रथमानिर्दिष्टं समास उपसर्जनम् इति प्रथमं सूत्रं, तत् सूत्रं प्रमुखम् अपि च प्रधानम्. द्वितीयं सूत्रं किञ्चित् विरलतया तस्य उपयोगं कुर्मः. तत्र प्रथमं सूत्रं किं वदति, समस्तपदनिर्माणावसरे समासविधायकसूत्रं द्रष्टव्यं. विधिसूत्रेण एव सर्वदा कार्यं भवति. समस्तपदनिर्माणार्थं तत्सम्बद्धं विधायकसूत्रम् अष्टाध्याय्याम् अस्ति वा इति प्रथमतया द्रष्टव्यं. तदनन्तरं विधिसूत्रं तत्र अस्ति चेत् तस्य परिशीलनं करणीयम्. तत्र विधिसूत्रं पश्यामश्चेत्, विधिसूत्रे प्रथमाविभक्त्यन्तं पदं किं पदमस्ति इति दृष्ट्वा, यदि पदं प्रथमाविभक्त्यन्तं पदम् अस्ति चेत् तत्र यस्य पदस्य प्रथमाविभक्तिः अस्ति तस्य पदस्य उपसर्जनसंज्ञा भवति इति वयं दृष्टवन्तः. यदि उपसर्जनसंज्ञा भवति चेत् किं फलम् इति अपि चिन्तनीयं भवति. इत्युक्ते यस्य पदस्य उपसर्जनसंज्ञा भवति तस्य पूर्वनिपातः भवति भिन्नसूत्रेण, भिन्नविधिसूत्रेण. विधिसूत्रं किं, तत्र उपसर्जनं पूर्वम् इति एकं विधिसूत्रमस्ति. इत्युक्ते आहत्य प्रथमानिर्दिष्टं समास उपसर्जनम् इति संज्ञासूत्रम्, उपसर्जनं पूर्वम् इति विधिसूत्रमस्ति. उपसर्जनं पूर्वम् इति विधिसूत्रेण यस्य पदस्य उपसर्जनसंज्ञा अस्ति तत् पदं पूर्वपदं भवेत् इति वयं दृष्टवन्तः. तदर्थं कानिचन उदाहरणानि अपि वयं दृष्टवन्तः. तत्र पञ्चमी भयेन इति एकं पञ्चमी तत्पुरुषसमास विधायकसूत्रमस्ति. तत्र पञ्चमी भयेन इत्यस्मिन् सूत्रे पञ्चमी इति पदं प्रथमाविभक्त्यन्तं पदमस्ति. तं सूत्रं परिशील्य तत्र चोरभयम् अथवा वृकभयं, वृकभीतिः एतादृशानि पदानि, समस्तपदानि इत्युक्ते एतेषु पदेषु पञ्चमी तत्पुरुषसमासः अस्ति. तत्र प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रम् आधारीकृत्य तत्र चोरभयम् इत्यस्मिन् पदे चोर इति पदं पूर्वपदं किमर्थमस्ति इति वयम् अवगतवन्तः. तदनन्तरं षष्ठी इति षष्ठीतत्पुरुषसमासविधायकसूत्रमस्ति. तं सूत्रं तस्मिन् सूत्रे एकमेव पदमस्ति षष्ठी इति पदं, तत्पदं प्रथमान्तं पदमस्ति. इत्युक्ते षष्ठीविभक्त्यन्तपदं किमपि समर्थेन सुबन्तपदेन सह समस्यते इति षष्ठी इति सूत्रं वदति. तत् सूत्रम् आधारीकृत्य सीतापतिः इत्यस्मिन् पदे सीता इति पदं पूर्वपदं भवति इति वयम् अवगतवन्तः. एतावता वयम् उपसर्जनसंज्ञासूत्रद्वयं दृष्टवन्तः, अपि च उपसर्जनं पूर्वम् इति सूत्रमपि दृष्टवन्तः. अपि च द्वितीयसूत्रस्य प्रसङ्गे, उपसर्जनसंज्ञासूत्रप्रसङ्गे अपि वयं किञ्चित् अवगतवन्तः. द्वितीयसूत्रम् एकविभक्ति च पूर्वनिपाते, तत्र अपूर्वनिपाते इति पदमस्ति, तद् अवगन्तव्यं, सदा स्मर्तव्यम्. एकविभक्ति च पूर्वनिपाते इति सूत्रे सूत्रस्य अवगमनार्थं वयम् अतिमालः इति समस्तपदं स्वीकृत्य वयं किञ्चित् चिन्तनं कृतवन्तः. तत्र अतिमालः इत्यस्मिन् पदे अति इति पदं किमर्थं पूर्वपदं भवति इति वयं दृष्टवन्तः गते सप्ताहे. प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रेण अति इति पदस्य उपसर्जनसंज्ञा भवति, उपसर्जनं पूर्वम् इति सूत्रेण तस्य पूर्वप्रयोगः भवति, अपि च तस्मिन् समस्तपदे माला इति द्वितीयं पदमस्ति, माला इति द्वितीयं पदम् एकविभक्ति च पूर्वनिपाते इति सूत्रेण तस्य उपसर्जनसंज्ञा भवति. किन्तु फलं भिन्नं, कीदृशं फलमस्ति इत्युक्ते, तत्र उपसर्जनसंज्ञायाः फलं तत्र ह्रस्वत्वं भवति, इत्युक्ते प्रातिपदिकस्य ह्रस्वत्वं भवति इति वयं दृष्टवन्तः. तदर्थमेव माला इति दीर्घ आकारान्तपदं माला इति पदं भवति. तदनन्तरं तत्र अतिमाला इति प्रातिपदिकं सिध्यति. तदनन्तरं सुप्रत्ययस्य योजनेन अतिमालः इति समस्तपदं निर्माणं भवति इति एतत् सर्वं वयं दृष्टवन्तः. इत्युक्ते अतिमालः इत्यस्मिन् पदे द्वयोः सूत्रयोः प्रसक्तिः अस्ति, इत्युक्ते द्वयोः संज्ञासूत्रयोः प्रसक्तिः अस्ति. एकेन प्रथमसूत्रेण अतिपदस्य उपसर्जनसंज्ञा भवति, द्वितीयसूत्रेण माला इति पदस्य उपसर्जनसंज्ञा भवति. तदनन्तरं तदनन्तरम् उपसर्जनं पूर्वम् इत्यनेन कार्यं भवति. तस्मिन् सन्दर्भे एव वयं गोस्त्रियोरुपसर्जनस्य इति सूत्रमपि वयं दृष्टवन्तः. एतत् सर्वं वयं किञ्चित् अवगन्तुं प्रयत्नं कृतवन्तः. अतिमालः इत्यस्मिन् पदे द्वयोः सूत्रयोः प्रसक्तिः अस्ति, किन्तु उपसर्जनसंज्ञायाः फलम् एकं पूर्वप्रयोगः, द्वितीयः प्रातिपदिकस्य ह्रस्वत्वम् इति वयं दृष्टवन्तः. किन्तु अद्य अस्माकं कार्यं किम् इति पश्यामश्चेत्, इदं संज्ञासूत्रद्वयस्य आधारेण अद्य वयम् एकम् अभ्यासं कुर्मः. अस्मिन् करपत्रे, करपत्रस्य अधोभागे तत्र कानिचन सूत्राणि स्थापितानि भगिन्या. तत्र तानि सूत्राणि परिशील्य प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रस्य आधारेण एतेषु सूत्रेषु कीदृशं कार्यं भवति इति अधुना वयं पश्यामः. तदर्थं सर्वे तत्र करपत्रं पुरतः स्थापयन्तु. अधोभागे तत्र सूत्राणि सन्ति, सूत्राणि परिशील्य अधुना अभ्यासं कुर्मः. उत्तमम्. अधुना अत्र अरुणा भगिनी भवती पठतु प्रथमं सूत्रम्. आम्,
अभ्यासः तदेव भगिनी. एतेषु सूत्रेषु उपसर्जनं किम् अपि च कस्य पदस्य पूर्वनिपातः भवति इति वक्तव्यम्. प्रथमं द्वितीय श्रीतासीतपति प्राप्तपन्नैः. अत्र द्वितीया, अहं चिन्तयामि द्वितीया इति तदनाविभक्तिरूपमस्ति, तदेव तदनानिर्दिष्टं समास उपसर्जनम् इति सूत्रेण संज्ञा द्वितीया इति उपसर्जनं भवति. उपसर्जनं पूर्वम् इति सूत्रेण विधिसूत्रेण प्रथमाविभक्ति प्रथमं स्थापयितं भवति, निपाता भवति.
एतदर्थम् एकम् उदाहरणं परिशीलयामः. पुनः एकवारम् अन्येषां कृते अहं सूत्रम् एकवारं पठामि. द्वितीया तत्र सूत्रस्य पदविच्छेदं कुर्मः चेत् कथं कीदृशानि पदानि अस्मिन् सूत्रे सन्ति इति एकवारं पश्येम. तत्र श्रित, अतीत, पतित, गत, अत्यस्त, प्राप्त, आपन्नैः इति पदानि सन्ति. अत्र कति पदानि इति परिशीलयामश्चेत् सप्तपदानि सन्ति. श्रितातीत, पतित, गतात्यस्त, प्राप्तापन्नैः इति सूत्रमस्ति. आहत्य अस्मिन् सूत्रे कति पदानि सन्ति?
द्वे.
पदद्वयम् अस्ति. द्वे पदे इत्युक्ते प्रथमं पदं द्वितीया अस्ति, द्वितीयं पदं समस्तपदं. तस्मिन् पदे, समस्तपदे बहूनि पदानि सन्ति. श्रित, अतीत, पतित, गत, तादृशानि पदानि सन्ति. इदं सूत्रं कीदृशं सूत्रम्?
विधिसूत्रमिति अहं मन्ये.
उत्तमं, विधिसूत्रम्. अपि च द्वितीया तत्पुरुषसमासविधायकसूत्रं. यदा वयं तत्पुरुषसमासप्रसङ्गे वयं समस्तपदानि स्वीकृत्य परिशीलयामः, तत्र पुनः एतान् इदं सूत्रं पुनः तत्र आयास्यति. अत्र द्वितीयतत्पुरुषसमासस्य विधायकसूत्रम्. अस्मिन् सूत्रे केवलं पदद्वयमेव अस्ति. द्वितीयं पदं पदस्य रूपं किं वदतु? विभक्तिवचनं
विभक्ति तृतीया बहुवचनम् अस्ति.
उत्तमं. तृतीया बहुवचनं तृतीया बहुवचनम् आपन्नैः प्राप्तापन्नैः इति पदमस्ति रामैः इव. द्वन्द्वसमासः अस्ति. अत्र यद्यपि अत्र पदद्वयमेव अस्ति किन्तु अस्माकं कार्यं सूत्रं परिशील्य अस्माकं कार्यं किं भवत्या उक्तमेव. इत्युक्ते अत्र उपसर्जनसंज्ञा प्रथमसूत्रेण भवति, प्रथमसंज्ञासूत्रेण भवति. प्रथमसंज्ञासूत्रं किं?
प्रथमनिर्दिष्टं समास उपसर्जनम्.
अत्र द्वितीया इति पदं तेन सूत्रेण द्वितीया इति पदं प्रथमान्तं पदमस्ति. अस्य कृते एकम् उदाहरणं वयं पूर्वमेव पठितवन्तः. ग्रामगतः इति वयं उदाहरणं परिशीलितवन्तः. ग्रामगतः इत्यस्मिन् पदे उत्तरपदं गत इति पदमस्ति इति कृत्वा, इत्युक्ते अत्र षट् वा सप्त पदानि वा सन्ति, एतेषु अन्यतमं पदम् उत्तरपदमस्ति चेत् तदा पूर्वं द्वितीयाविभक्त्यन्तं पदमस्ति चेत् तत्र समासं कुर्मः. द्वितीयतत्पुरुषसमासप्रसङ्गे तादृशनियमाः सन्ति. सम्यक् एव भवत्या यदुक्तं तत्. इत्युक्ते अत्र द्वितीया इति पदं प्रथमान्तं पदमस्ति, तस्य उपसर्जनसंज्ञा भवति. ग्रामगतः इत्यस्मिन् पदे विग्रहवाक्यं ग्रामं गतः इति विग्रहवाक्यं भवति. इत्युक्ते पूर्वपदस्य द्वितीयाविभक्तेः लोपः भवति. उत्तरपदं गत इति पदमस्ति इति कृत्वा तत्र ग्राम इति पदं प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रेण ग्राम इति पदस्य पूर्वप्रयोगः भवति तस्मिन् समस्तपदे. उत्तमम्.
एतत् सूत्रं वदति द्वितीयतत्पुरुष समास अस्ति चेत् तत्र स्मृत अतीत पतित गत एव भवितुं शक्नोति इति वा?
आं भगिनि, आम्. इत्युक्ते एतेषु पदेषु अन्यतमं पदमस्ति चेदेव द्वितीयतत्पुरुषसमासं कर्तुं शक्नुमः. तदर्थमेव पूर्व तत्र अस्माकं करपत्रे पूर्वमेव लिखितमस्ति. किम् इत्युक्ते समाससम्बद्धविधायकसूत्रं नास्ति चेत् समासं कर्तुं न शक्यते. यदि वयं कर्तुम् इच्छामश्चेत् असमर्थसमासः भवति. यदि काव्येषु कानिचन समस्तपदानि दृश्यन्ते तेषां कृते तत्र तेषां समर्थनार्थं विधायकसूत्रं नास्ति इति कृत्वा केवलं तेषां समस्तपदानां समर्थनं सहसुपा इति सूत्रेण एव कर्तुं शक्यते. यदि वयं कुर्मः तादृशरीत्या कर्तुं न शक्यते इति अत्र विषयः.
अत्र श्रुत अतीत खलु?
अतीत.
अनन्तरं पतित अस्ति. पतित द्वितीय तत्पुरुष कथं भवति भगिनि? पतति अस्ति चेत् प्रायः पञ्चमी खलु?
तत्र
वृक्षतः पतति, नो चेत् वृक्षात् पतति, द्वितीय कथम्?
इत्युक्ते अत्र पदमस्ति पतित, पतित इति पदमस्ति. किन्तु यदा वयं तत्पुरुषसमासप्रसङ्गे चिन्तनं कुर्मः तदा वयं विस्तरेण पठामः. अद्य त्यजामः. अत्र द्वितीयं सूत्रम्, अत्र द्वितीयं सूत्रं पुष्पा भगिनी भवती वदति वा? पुष्पा भगिनी, नो चेत् अत्र अरविन्द महोदय भवान् वदतु.
आं भगिनि, द्वितीयम् अस्ति तृतीया तत् कृतार्थेन गुणवचनेन. अत्रापि प्रथमानिर्दिष्टम् इति तृतीया प्रथमा विभक्त्या अस्ति चेत् तस्य पूर्वनिपातः भवति.
अत्र प्रथमान्तं पदं किम्?
प्रथमान्तं पदं तृतीया.
अत्र कति पदानि सन्ति विधायकसूत्रे?
विधायकसूत्रे त्रीणि पदानि सन्ति.
अपि च तत्कृतार्थेन गुणवचनेन एतत् पदद्वयं तृतीयान्तं पदद्वयम् अस्ति. एतत् सूत्रं तृतीया तत्पुरुषसमासविधायकसूत्रम्. अत्र उदाहरणम् अस्माकं करपत्रे नास्ति. विवृणोतु महोदय.
तिलस्य मिश्रः गुणमिश्रगुणवचनम् अस्ति, तस्मात् तिलस्य गुणबोधायकशब्दमस्ति. तिलस्य मिश्रः इति समासपर्यन्तं तिलमिश्रः भवति.
अत्र तृतीया तत्पुरुषसमासविधायकसूत्रम् इदं सूत्रम् आहत्य अत्र अस्माकं कार्यं तु प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रस्य प्रसक्तिः अत्र कीदृशं रीत्या अस्ति इति एव अस्माकं चिन्तनम् अस्ति. अग्रिमं सूत्रं वदतु महोदय.
चतुर्थी तदार्थ अर्थबलहित सुखा सुखरक्षितैः. अत्रापि चतुर्थीः एवं प्रथमा विभक्तिः अस्ति, तस्य पूर्वनिपातः भवति. तदर्थ अर्थबलहित सुखरक्षितै एतं समस्तपदमस्ति.
इत्युक्ते अत्र अस्मिन् सूत्रे केवलं पदद्वयमेव अस्ति. चतुर्थी इति प्रथमं पदमस्ति. चतुर्थी पदं प्रथमान्तं पदं, द्वितीयं पदं समस्तपदं, किन्तु तृतीया विभक्ति बहुवचनरूपम् अस्ति. चतुर्थी तत्पुरुषसमासविधायकसूत्रम् इदम्. अपि च तत्र साधारणं पदमेव वयं दृष्टवन्तः. तत्र तदर्थं साधारणं पदं, तदर्थम् अहं कार्यं करोमि, किमर्थम्, एतादृशानि पदानि वयं जानीमः एव. किमर्थम् इत्यस्मिन् पदे, तदर्थम् इत्यस्मिन् पदे तत्र चतुर्थी तत्पुरुषसमासः अस्ति. तत्र विग्रहवाक्यं वक्तुमिच्छामश्चेत् तत्र तस्मै इदम् इति तदर्थं भवति, कस्मै इदं किमर्थम् इति भवति. तत्र तस्मिन् पदे किमर्थम् इत्यस्मिन् पदे अथवा तदर्थम् इत्यस्मिन् पदे चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः इति सूत्रेण तस्मिन् पदे चतुर्थी तत्पुरुषसमासः भवति. उत्तमम्. अनन्तरम् अत्र ललिता भगिनी भवती पठतु अग्रिमं.
भगिनी क्षम्यतां भगिनी, एकः प्रश्नः भगिनी, एकः प्रश्नः भगिनी, क्षम्यतां.
वदतु.
तृतीया तत्कृतार्थेन गुणवचनेन एकं पुनः उदाहरणं वदतु भगिनी, अहं न अवगतम्.
हा, चिन्ता मास्तु भगिनी, वयं तत्पुरुषसमासप्रसङ्गे पुनः एकवारं परिशीलयामः. अस्मिन् करपत्रे नास्ति, किन्तु महोदयेन किमपि उदाहरणम् उक्तवान्, किन्तु वयं विस्तरेण पठामः. चिन्ता मास्तु.
अस्तु, धन्यवादः भगिनी, क्षम्यता.
चिन्ता मास्तु. अत्र पञ्चमी भयेन वदतु.
पञ्चमी भयेन पञ्चमी प्रथमानिर्दिष्ट समास उपसर्जनम् उपसर्जनसंज्ञा अस्ति. पञ्चमी द्वितीया प्रथमाविभक्ति तस्य पूर्वनिपातः भवति पञ्चमी.
अस्मिन् विषये वयम् उदाहरणं दृष्टवन्तः.
हा,
किञ्चित् वदतु.
पञ्चमी भयेन पञ्चमी प्रथमा विभक्तिः, भयेन तृतीया विभक्तिः. एकपदम् अस्ति.
इत्युक्ते अत्र उदाहरणं वयं उदाहरणं पठितवन्तः चोरभयं स्वीकृत्य वदतु.
चोरभयं चोरात् भयम् इति इति
इत्युक्ते चोर वदतु किञ्चित् प्रतिपादयतु. अत्र गीतञ्जलि भगिनी किञ्चित् प्रतिपादयतु चोरभयमिति पदं स्वीकृत्य समस्तपदं स्वीकृत्य तत्र पञ्चमीभयेन इति सूत्रस्य प्रसक्तिः अस्ति अपि च प्रथमानिर्दिष्टं समास उपसर्जनं सूत्रं सूत्रस्य प्रसक्तिः विधायकसूत्रे अस्ति वदतु.
अस्तु भगिनी, अत्र पञ्चमी भयेन इति सूत्रम् अस्ति. यदि वयं चोरात् भयम् इति विग्रहवाक्यं समासं कुर्मः इच्छति तदनन्तरम् इच्छन्ति तदनन्तरम् अत्र चोरात् इति पञ्चमी विभक्तिः अस्ति. पञ्चमी भयेन सूत्रेण वयं जानीमः पञ्चमी इति प्रथमविभक्तिः अस्ति सूत्रे. तदनन्तरं प्रथमानिर्दिष्टं समास उपसर्जनं सूत्रेण पञ्चमी इति पदम् उपसर्जनसंज्ञा स्वीकरोति. उपसर्जनपूर्वम् इति सूत्रेण वयं जानीमः यत् पदं पञ्चमी विभक्ति अस्ति तत् पदं पूर्वनिपातसमासे अस्ति. इत्युक्ते चोरात् अत्र चोर प्रथम पदम् अस्ति समासे, अपि च भयम् उत्तरपदम् अस्ति इति दत्तम्. समीचीनं भगिनि.
अत्र धन्यवादः भगिनी. अत्र चतुर्थी तत्पुरुषसमासप्रसङ्गे अहम् एकं वक्तुमिच्छामि. वयं साधारणतया एकं पदं शृणुमः, गुरुदक्षिणा इति एकं समस्तपदमस्ति. गुरुदक्षिणा इत्यस्मिन् पदे वयं पदं पश्यामश्चेत् विग्रहवाक्यम् अर्धम् अवलम्ब्य कीदृशरीत्या वक्तुमिच्छामः इत्युक्ते तत्र सम्प्रदाने चतुर्थी इति सूत्रं वयं जानीमः. तदर्थं वयं साधारणतया गुरवे दक्षिणा इति विग्रहवाक्यं लेखितुम् इष्टवन्तः. किन्तु तत्र गुरवे दक्षिणा इति इत्युक्ते गुरोः दक्षिणां समर्पयामः, तदर्थमेव गुरवे दक्षिणा इति विग्रहवाक्यं वक्तव्यं वा इति प्रश्नः उदेति तत्र. किन्तु गुरवे दक्षिणा इति विग्रहवाक्यम् असाधु, समीचीनं नास्ति. किमर्थमित्युक्ते तत्र चतुर्थी तत्पुरुषसमासविधायकसूत्रे दक्षिणा इति पदं नास्ति. चतुर्थी तत्पुरुषसमाससूत्रे कीदृशानि पदानि सन्ति? तदर्थार्थ बलिहित सुखरक्षित एतादृशानि पदानि सन्ति. किन्तु दक्षिणा इति पदं नास्ति इति कृत्वा तत्र चतुर्थी तत्पुरुषसमासं कर्तुं न शक्यते. तत्र केवलं षष्ठी इति सूत्रेण गुरोः दक्षिणा इति एव विग्रहवाक्यं वक्तुं शक्यते. इत्युक्ते आहत्य समस्तपदनिर्माणावसरे तत्सम्बद्धं विधायकसूत्रं नास्ति चेत् वयं समस्तपदनिर्माणं कर्तुं न शक्नुमः. गुरुदक्षिणा इति एकम् उदाहरणमस्ति. तत्र सर्वदा गुरोः दक्षिणा इति एव विग्रहवाक्यं भवति, तेन षष्ठी तत्पुरुषसमासः भवति, न तु चतुर्थी तत्पुरुषसमासः इति एकः विषयः. इत्युक्ते समासनिर्माणप्रसङ्गे विधायकसूत्राणि ज्ञातव्यानि इति विषयः. अग्रिमं सूत्रं सरला भगिनी भवती वदतु.
अस्तु भगिनि. अव्ययं विभक्ति समीप समृद्धि व्यध्री अर्थाभाव अत्यय असम्प्रति शब्द प्रादुर्भाव पश्चात् यथा अनुपूर्व्य योगपद्य सादृश सम्पत्ति साकल्यान्त वचनेषु इति सूत्रे द्वे पदमस्ति अव्ययं विभक्ति अन्य के पदानि आगच्छन्ति तस्य विवरणमस्ति इदानीम् अव्ययम् इति अव्ययी भावसमास इति सूत्रस्य विधायकसूत्रमस्ति अत्र अव्ययं पदं प्रथमा विभक्त्याम् अस्ति इदानीं प्रथमा निर्दिष्टा इति सूत्रेण प्रथमनिर्दिष्टं समास उपसर्जनम् इति सूत्रेण अव्ययं पदस्य उपसर्जनं प्रथमविभक्त्यां भूत्वा सूत्रे तस्य उपसर्जनसंज्ञा भवति तदनन्तरम् उपसर्जनसंज्ञा पूर्वमिति सूत्रेण तस्य पूर्वनिपात भवति यदि वयं प्रसिद्ध प्रसिद्धं वाक्यमस्ति उपकृष्णम् इति पदम् अस्ति उपकृष्णं कृष्णस्य समीपम् इदानीं समीपं तस्य अव्यय तस्य आगच्छति उप अव्ययम् अस्ति तस्य पूर्वनिपातं भवति सो उप कृष्णमिति भवति तस्य विवरणं तो इदानीं वयं के कानि पदानि कस्य परिवर् आगच्छति समीपस्य कृते यथा उप आगच्छति इति यथा यदि शब्दः अस्ति तस्य अति कृत्य इति शब्दम् आगच्छति तस्य यदि वयम् अव्ययसमासं पठामः तदानीं जानीमः
उत्तमं भगिनी उत्तमरीत्या उक्तवती अत्र पञ्चमीतत्पुरुषसमाससूत्रे केवलं पदद्वयमेव अस्ति अव्ययम् इति प्रथमं पदं द्वितीयं पदं बहु दीर्घमस्ति समस्तपदं तस्मिन् पदे कति पदानि सन्ति इति अहं दृष्टवती षोडशपदानि सन्ति समीपसमृद्धि वृद्धि अर्थाभाव अत्यय असम्प्रति शब्दप्रादुर्भाव पश्चात् यथा आनुपूर्व्य योगपद्य सादृश्यसम्पत्ति साकल्यान्तवचनेषु अत्र साकल्यान्तवचनेषु इति एतत् पदम् एकमेव पदं किन्तु समस्तपदं तत्र सप्तमी बहुवचनरूपं दत्तमस्ति अव्ययम् इति पदं यथा भगिन्या उक्तम् अव्ययम् इति पदं प्रथमान्तं पदम् अस्ति अस्मिन् विधायकसूत्रे इदं सूत्रं कीदृशम् अव्ययीभावसमासस्य विधायकसूत्रं समासः चतुर्विधः वयम् अग्रे पठिष्यामः तत्र अव्ययीभावः पूर्वपदार्थप्रधानः अव्ययीभावः इति एकं सूत्रमस्ति अत्र अव्ययीभावसमासस्य विधायकसूत्रम् इदं तत्र अव्ययम् इति पदं यथा भगिन्या उक्तम् उपकृष्णम् इति समीचीनम् उदाहरणं भगिनी उक्तवती अत्र अत्र उप इति पदं समीपार्धे प्रयुक्तमस्ति अपि च अत्र अव्ययपदम् अस्मिन् सूत्रे प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रेण विधायकसूत्रे अव्ययम् इति पदं प्रथमपदं प्रथमाविभक्त्यन्तं पदमस्ति इति कृत्वा तस्य उपसर्जनं पूर्वम् इत्यनेन तस्य पूर्वप्रयोगः भवति इति कारणतः तत्र उप इति पदं पूर्वपदं भवति उपकृष्णम् इत्यस्मिन् पदे उप इति पदं पूर्वपदम् अत्र उप इति पदम् अव्ययपदं समीपार्धे अत्र अन्ये के सन्ति अत्र पश्चादर्धे अनु इति उपसर्गं योजयामः अनुगुणम् इति एकं समस्तपदम् अस्ति तस्मिन् अव्ययीभावसमासः अस्ति एतावता अत्र अनेन अभ्यासेन अत्र कस्य पदस्य उपसर्जनसंज्ञा भवति तेन तस्य पदस्य पूर्वनिपातः भवति इति वयम् अवगतवन्तः अत्र तु प्रथमसंज्ञा प्रथम उपसर्जनसंज्ञासूत्रस्य प्रसक्तिः एव एतेषु पञ्चसु सूत्रेषु प्रथमसूत्रस्य प्रसक्तिः एव अस्ति न तु द्वितीयसूत्रस्य प्रसक्तिः द्वितीयसूत्रस्य प्रसक्तिः किञ्चित् विरलतया भवति इति कृत्वा भगिनी तत्र अतिमाला इति पदं निष्कासितवती उत्तमं तदनन्तरम् अस्मिन् करपत्रे अत्र समासप्रक्रियायां स्मर्तव्याः अंशाः इत्युक्ते तत्र भगिनी तत्र समासप्रसङ्गे समग्रचिन्तनार्थं कानिचन वाक्यानि स्थापितवती. तदर्थम् अस्मिन् करपत्रे उपरितनभागं तत्र पश्यन्तु. इत्युक्ते समस्तपदनिर्माणं सोपानेन भवति, न तु
भवती अनुगुणम् उक्तवती. तत्र प्रथमम् अर्थं किम्
अनुगुणम्? तत्र अनु इति उपसर्गस्य प्रयोगः द्विधा भवति. इत्युक्ते पश्चादर्थे आनुकूल्यम् अस्ति इत्यस्मिन् अर्थे तत्र.
इत्युक्ते
साधारणं पदमेव अनुगुणम् इत्युक्ते तदनुसृत्य इति वयं जानीमः एव. अहं न अवगतवती भगिनी, पुनः वदतु.
फालो वक्तुं शक्नुमः वा अर्थ अनुगुणम्?
अत्र उदाहरणम् एकम् उदाहरणं वदामि. अत्र भरतः
अनुगृहं समासस्य विग्रहवाक्यं कृपया वदतु.
अहम् अन्यत् उदाहरणं वदामि. उदाहरणार्थं भरतः अनुरामं गच्छति इति एकं वाक्यमस्ति. भरतः अनुरामं गच्छति अथवा भरतः अनुरामं जायते, अजायत इत्युक्ते भूतकालार्थे वक्तुं शक्यते. तत्र अनुरामं गच्छति इति वाक्यमस्ति चेत् तत्र अनुरामम् इति पदं समस्तपदमस्ति. तत्र अव्ययीभावसमासः अस्ति. अनुरामं गच्छति इत्युक्ते रामस्य पश्चात्, रामस्य अनन्तरम्.
ओ अस्तु. अत्र उपकृष्णं तत्र उप समीपम् अर्थः. अत्र अनु इत्युक्ते पश्चात् अर्थः.
अस्तु. तादृशरीत्या किञ्चित् प्रत्येकस्य पदस्य भिन्न अर्थः अस्ति तत्र तस्मिन् सूत्रे. यद्यपि षोडशपदानि सन्ति, तेषाम् अर्थः तु इत्युक्ते प्रत्येकं पदं स्वीकृत्य प्रत्येकम् उदाहरणं परिशील्य अवगन्तव्यम्. उत्तमम्.
किन्तु समीपकृष्णं न वक्तुं शक्नुमः.
तत्र तदर्थं समीपकृष्णं न वक्तव्यं. किमर्थम् इत्युक्ते अव्ययीभावसमासप्रसङ्गे समासः नित्यरूपेण भवति, न तु विकल्पेन. अपि च अश्वपदविग्रहवाक्यमस्ति तत्र. इत्युक्ते तत्र समीप इति पदस्य प्रयोगं समस्तपदे न भवति, केवलं विग्रहवाक्ये एव दृश्यते.
तथा एव पश्चात् अपि भवती अनु उक्तवती. पश्चात् विग्रहवाक्यम् एव, किन्तु समासे तु अनु.
उत्तमम्. अनुरामं गच्छति, अनुगुणम्, अनुदिनम् एतादृशानि पदानि. किन्तु अव्ययीभावसमासप्रसङ्गे वीप्सार्धे इत्युक्ते पुनः पुनः कार्यं कुर्मः चेत् वीप्सार्धे इति वदामः. तत्र प्रतिदिनम् इति एकम् उदाहरणमस्ति. दिनं दिनं प्रति, तत्र दिनं दिनं प्रति दिने दिने प्रति अपि भवति भवति. अत्र भवती एव पठतु भगिनि समासप्रक्रियायां.
किञ्चित् एकः प्रश्नः भगिनि. यद् अत्र अहम् इदानीमेव गृहं प्राप्तवान्, तर्हि वयं कुत्र स्मः? षोडशपदस्य यत् सूत्रमस्ति तत् किं, कुत्र, तस्य अङ्कः कः?
अत्र भगिन्या निर्मितं करपत्रम् इत्युक्ते समासप्रसङ्गे भगिन्या एकमेव करपत्रं निर्मितमस्ति. तस्य नाम समासपरिचयः. तस्य अन्ते अधोभागे कानिचन सूत्राणि स्थापितानि. अस्माकम् अवगमनार्थं अस्माकम् अवगमनार्थं तत्र भगिनी अभ्यासं दत्तवती. अभ्यासं कुर्मः चेत् इतोपि स्पष्टं भवति. तदर्थं वयम् एतावत्पर्यन्तं वयम् अभ्यासं कृतवन्तः. अधुना
पञ्चम उदाहरणं वा, अव्ययं विभक्ति समीप समृद्धि व्यू वृद्धि अर्थाभावात् यत् असम्प्रति शब्द प्रादुर्भाव पश्चात् यथा अनुप अस्तु. यत् सोपानानि यद्भवन्ति समासप्रसङ्गार्थं भाटसूत्राणि वा किमपि अस्ति वा अस्माकम् अवगमनार्थं स्मरणार्थं?
महोदय अत्र पश्यतु, अस्मिन् करपत्रे भगिन्या लिखितम् अत्र बहूनि तत्र समासप्रक्रियायां स्मर्तव्याः अंशाः इति तत्र सप्तमबिन्दुः अस्ति. सर्वे तत्र सप्तमबिन्दुं पश्यन्तु. तत्र तस्मात् आरभ्य, किमर्थमित्युक्ते तस्मात् पूर्वं वयं गते सप्ताहे एव समापितवन्तः. अद्य सप्तमबिन्दुतः आरभ्य पठामः. सुमन् भगिनी पठतु
सप्तमबिन्दु. किम् अस्तु. समासप्रक्रियायां स्मर्तव्याः अंशाः. अस्तु, प्रथमम् अस्ति समासः सर्वदा समर्थानां सुबन्तानाम् एव भवति. सुबन्तयोः एव समासः भवति. अस्तु, अत्र
भगिनी अहम् एकं प्रश्नं पृच्छामि. अत्र अत्र वाक्यद्वयं दत्तमस्ति. प्रत्येकं वाक्यं स्वीकृत्य परिशीलयामश्चेत् प्रथमवाक्यस्य समर्थनार्थं वयम् एकं सूत्रं पठितवन्तः. प्रथमवाक्यस्य तत् सूत्रं किं? तत्र समासः सर्वदा समर्थानां सुबन्तानाम् एव भवति. तदर्थम् एकं सूत्रं पठितवन्तः.
भगिनी, समर्थः पदविधिः वा?
उत्तमम् उत्तमं. समर्थः पदविधिः इति सूत्रम् एतदेव वदति. अनन्तरं द्वितीयं वाक्यमस्ति सुबन्तयोः एव समासः भवति. तदर्थमपि एकं सूत्रं पठितवन्तः.
सः सुपा वा?
सः सुपा इत्युक्ते सूत्रस्य विवरणम् अत्र सरलरूपेण दत्तवती भगिनी. उत्तमं. द्वितीयं वाक्यं पठतु.
अस्तु, किञ्चित् अग्रे गतवती. अस्तु, समासे लौकिक विग्रहवाक्यम् अलौकिकविग्रहवाक्यं च चिन्तनीयम्. अर्थम् अवलम्ब्य एव समासस्य विग्रहवाक्यं चिन्तनीयम्. समासविधायकं सूत्रम् अवलम्ब्य एव समासः क्रियते. अस्तु, इदानीं तु वयं तु दृष्टवन्तः समासस्य अर्थः किम् इति द्रष्टव्यं चेत् विग्रहवाक्यं द्रष्टव्यम्. विग्रहवाक्यं द्विविधा भवति. लौकिकविग्रहवाक्यम् अस्ति, अलौकिकविग्रहवाक्यम् अस्ति. लौकिकविग्रहवाक्यं तु यत् वयं वदामः इत्युक्ते सीतापतिः अस्ति चेत् सीतायाः पतिः. किन्तु अलौकिकविग्रहवाक्यं भवति सीता. तदनन्तरम् अहं सर्वे सुप्रत्यय न स्मरामि, प्रायः नस्व षष्टि स्त्रीलिङ्ग भवति. तत्र सीता योगः नस् योगः पतिः योगपति योगः सु. अलौकिकविग्रहवाक्यं तथा भवति. विग्रहवाक्यम् एव अर्थं दीयते.
उत्तमम्. अत्र तृती अत्र अग्रिमं वाक्यमस्ति अर्धमवलम्ब्य एव समासस्य विग्रहवाक्यं चिन्तनीयम् इति वाक्यमस्ति. एतदर्थम् एकम् उदाहरणं स्वीकृत्य विवृणोति वा कोऽपि वदति वा? अहं चित् नो चेत् अहं वदामि. अर्धमवलम्ब्य एव अर्थम् अवलम्ब्य एव समासस्य विग्रहवाक्यं चिन्तनीयम् इति वाक्यमस्ति. अस्य समर्थनार्थम् एकम् उदाहरणं वयं पठितवन्तः. सरला भगिनी, भवती वक्तुम् इष्टवती वा? रामेश्वरः
इति अस्तु. रामेश्वर इति यदि वयं स्वीकुर्मः, रामस्य ईश्वरः रामेश्वर इति वक्तुं शक्नुमः. अर्थम् अवलम्ब्य यदि राम इति तदनन्तरं रामस्य तस्य विभक्तिलोपानन्तरं राम भवति, ईश्वर इत्यस्य ईश्वर रामयोग ईश्वर रामेश्वर सन्धि भूत्वा रामेश्वर आगच्छति. किन्तु अपि वयं वक्तुं शक्नुमः रामः ईश्वर यस्य सः इति बहुव्रीहि समासः भवति. राम ईश्वर यस्य सः इति भवति, तस्य उदाहरणं भवति राम ईश्वर यस्य सः इति भवति शिव. राम ईश्वर यस्य सः, यदि राम ईश्वर यस्य सः शिव इति वदति राम ईश्वर यस्य सः. सो राम ईश्वर शिव वदति राम ईश्वर यस्य सः, शिवस्य ईश्वर राम अस्ति इति. किन्तु रामस्य ईश्वर इति भवति शिव. रामस्य ईश्वर राम शिवस्य पूजां करोति यदि वयं जानीमः. रामलिङ्गं निर्मातुं तस्य पूजां कृतवान् अस्ति भवति रामेश्वर. अन्य उदाहरणं भवति तस्य अर्थः रामः राम ईश्वर राम ईश्वर द्वन्द्वसमासः भगिनी तृतीयं
न तत्र यथा भवत्या उक्तम् उत्तमं भगिनी, धन्यवादः, उत्तमरीत्या प्रतिपादितवती. तत्र रामेश्वरः इति वयं गीताप्रवेशपुस्तके एकम् उदाहरणं दृष्टवन्तः. रामेश्वरः इति
कृपया
अत्र रामेश्वरः इति समस्तपदमस्ति. तत्र रामेश्वरः इति पदस्य विग्रहवाक्यं भिन्नभिन्नरीत्या वक्तुं शक्यते. अर्धम् अवलम्ब्य समस्तपदस्य विग्रहवाक्यं वक्तव्यम् इति किमर्थम् उक्तमस्ति इत्युक्ते रामस्य ईश्वरः शिवः. यदि विग्रहवाक्यं रामस्य ईश्वरः इति वदामश्चेत् तत्र षष्ठीतत्पुरुषसमासः भवति. किन्तु भिन्नरीत्या अत्र रामः ईश्वरः यस्य सः तादृशरीत्या वदामश्चेत् तत्र बहुव्रीहिसमासः भवति. अनन्तरं अन्ततो गत्वा तत्र एका कथा अस्ति.
द्वितीयसमासे बहुव्रीहिसमासे किं सूचयति इत्युक्ते पुरुषः वा?
अत्र बहुव्रीहिसमासप्रसङ्गे तत्र अन्यपदप्राधान्यं वर्तते.
कस्य पदस्य? पुरुषः, जनाः, ईश्वरस्य वदनम्.
रामेश्वरः इत्युक्ते रामः ईश्वरः, रामः यस्य ईश्वरः सः इत्युक्ते तत्र शिवः इति अर्थः आयाति.
पुनः वा?
अत्र रामेश्वरः रामः ईश्वरः यस्य सः. अत्र अनन्तरं तत्र रामेश्वरः इति पदस्य अर्थं भिन्नरीत्यापि वक्तुं शक्यते. रामः एव ईश्वरः इति एवकारः योजयित्वा वदामश्चेत् तत्र अवधारणापूर्वपदकर्मधारयसमासः भवति. इत्युक्ते रामः एव ईश्वरः इति वक्तुमिच्छामश्चेत् इत्युक्ते तयोः मध्ये भेदः नास्ति. रामः एव ईश्वरः, ईश्वरः एव रामः इति विवक्षायां तादृशरीत्या वयं विग्रहवाक्यं वक्तुमिच्छामश्चेत् तदा अवधारणापूर्वपद कर्मधारयसमासः भवति. इत्युक्ते आहत्य अर्धम् अवलम्ब्य समासस्य विग्रहवाक्यं वक्तव्यम्. अग्रिमं
भगिनी अपि ईश्वर एव राम द्वयो भवितुं शक्नोति.
ईश्वरः एव रामः तदपि भवितुं शक्नोति. उत्तमं.
बहुव्रीही समासस्य अर्थं न अवगच्छामि.
तत्र चिन्ता मास्तु
भगिनी. हैव यू स्टडीड् समासस्?
चिन्ता मास्तु भगिनी, अग्रे गन्तव्यम् अत्र.
भगिनी कृपया बहुव्रीही समासस्य अर्थं वदतु.
रामः ईश्वरः यस्य सः.
अस्तु, इत्युक्ते
तथा वदामश्चेत्. किन्तु
तत् पदं शिव
शिवः भवति. किन्तु तत्र रामः
भवति. मम स्वामी राम इति तस्य अर्थः अस्ति.
रामस्य ईश्वरः शिवः, शिवस्य ईश्वरः रामः
इति शिव वदति. राम वदति रामस्य ईश्वर शिव इति द्वौ. राम भवती रामायणं पठति, तत्र तुलसीरामायणं प्रथमं राम रामायणं शिवस्य पूजां करोति तुलसी इति दत्तमस्ति.
तदैव
रामस्य ईश्वर शिव
तथैव आगच्छति. रामः रामे ईश्वरं पूजयति, तत्समये तद् रामः रामेश्वरं ऐ मीन् हि कन्स्ट्रक्ट्स् दट् रामेश्वरम्.
अत्र अधुना तत् त्यजामः. किमर्थमित्युक्ते तत्र तस्मिन् विषये यदा वयं समासप्रसङ्गे पुनः परिशीलयामः तत्र सूत्राणां सहायेन किञ्चित् परिशीलयामः तदनन्तरम्. अत्र समासकविधायकसूत्रम् अवलम्ब्य एव समासः क्रियते इति वाक्यमस्ति. तदर्थमेव अहं गुरुदक्षिणा इति पदम् उक्तवती. तत्र गुरुदक्षिणा इत्यस्मिन् पदे समासविधायकसूत्रं नास्ति इति कृत्वा तत्र चतुर्थीतत्पुरुषसमासं कर्तुं न शक्यते. केवलं षष्ठीतत्पुरुषसमासः एव भवति. इत्युक्ते चतुर्थीतत्पुरुषसमासे दक्षिणा इति पदं नास्ति इति कृत्वा. अधुना पुष्पा भगिनी भवती पठतु अग्रिमं वाक्यम्.
अस्तु भगिनि. लौकिक तद् वदामः न येन लौकिकविग्रहवाक्येन समस्तपदस्य अर्थ अवगम्यते. यथा भवच्छक्षुः समस्तपदस्य कृते भवतः चक्षुः इति लौकिकविग्रहवाक्यं भवति. अत्र लौकिक विग्रहवाक्यं समस्तपदस्य अर्थम् अवगम्यते चेत् स लौकिकविग्रहवाक्यं कर्तुं शक्नुमः. तद् यथा भवच्छक्षुः, अत्र सन्धिः अपि अस्ति.
एतावता अस्मिन् वाक्ये किं दत्तं? लौकिकवाक्यस्य लौकिकविग्रहवाक्यस्य आवश्यकता का?
अत्र तद् विवरणेन भवच्छक्षुः एतद् विवरणेन लौकिकविग्रहवाक्यं दीयते.
इत्युक्ते समस्तपदस्य अर्थबोधनार्थम्
लौकिकविग्रहवाक्यं दीयते. तत्तु
अत्र उदाहरणं किं दत्तमस्ति?
भवच्छक्षुः इति समस्तपदं दीयते. तत्तु भवतः चक्षुः, भवतः तत्र षष्टितत्पुरुष भवतः चक्षुः भवतः भवच्छक्षुः.
आं भगिनि, अत्र षष्ठी तत्पुरुषसमासः अस्मिन् पदे अस्ति. अत्र समस्तपदं भवच्चक्षुः, भवतः चक्षुः इति विग्रहवाक्यं. तदा तादृशरीत्या वदनेन अस्माकम् अवगमनं जायते. इत्युक्ते अत्र भवतः चक्षुः इति वदामश्चेत् सुलभतया अवगन्तुं शक्नुमः तत्र. अग्रिमं वाक्यम्.
ओके, अस्तु भगिनि. अलौकिकविग्रहवाक्येन समासनिर्माणं सिद्ध्यति. यथा भवच्चक्षुः समस्तपदस्य कृते भवत् ञस् भवत् योगः ञस् योगः चक्षु योगः सु इति भवति. समासप्रक्रिया आरब्धा भवति अलौकिकविग्रहवाक्यात्. अतः प्रक्रियाकाले सर्वप्रथमम् अलौकिकविग्रहवाक्यं चिन्तनीयम्. अस्तु, अत्र अलौकिक विग्रहवाक्यं चिन्तयति चेत् चिन्तनीयं. तदैव समासनिर्माणं सिद्ध्यति. अलौकिकविग्रहवाक्ये एव समासनिर्माणं तत्तु यथा
अत्र अलौकिकविग्रहवाक्यकथनवेलायां किं भवति, तत्र कार्यं कीदृशं कार्यं भवति अत्र?
तदेव प्रक्रिया क्रियते.
इत्युक्ते तत्र समस्तपदनिर्माणं कथं भवति तत्र इति अवगन्तुम् अलौकिकविग्रहवाक्यं वक्तव्यं. यद्यपि साधारणजनैः एतत् अलौकिकविग्रहवाक्यं न ज्ञायते चेदपि समस्तपदनिर्माणार्थम् अलौकिकविग्रहवाक्यकथनम् आवश्यकम्. अत्र तु प्रकृतिप्रत्ययविभागः भवति, प्रकृतिप्रत्ययविभागः. अत्र पश्यतु, अलौकिकविग्रहवाक्ये सर्वदा प्रकृतिप्रत्ययविभागः क्रियते इति पूर्वं वयं पठितवन्तः. अत्र प्रकृतिप्रत्ययविभागः इत्युक्ते भवत्याः अवगमनं किम्?
प्रकृतिप्रत्यय इति वदनेन तत् ञस् अत्र अस्ति अस्ति तद् भवत् परे ञस् अस्ति तद् तदेव उपयुज्य भवच्चक्षुः भवत् चक्षु योगः सु तु विसर्गः भवत् यस् चक्षुः तदेव आगच्छति. तद् समस्तपदम् एतत् कृत्वा आगच्छति.
अत्र भवती किञ्चित् प्रयत्नं कृतवती, किन्तु अत्र पूर्णेन्दु महोदय, भवान् अत्र भवतियोगः नस् चक्षुयोगः सु इति अत्र अलौकिकविग्रहवाक्यं परिशील्य अत्र प्रकृतिप्रत्ययविभागः इत्युक्ते भवतः अवगमनं किम्?
मया भगिनि कोऽपि
अत्र पूर्णेन्दु महोदय अस्ति.
तथैव
भवत् योगः मनस् चक्षुयोगः सु लौकिकविग्रहवाक्येन समासनिर्माणं सिद्ध्यति. यथा भवच्चक्षुः समस्तपदस्य कृते भवत् योगः मनस् योगः चक्षुयोगः सु इति भवति. समासप्रक्रिया आरब्धा भवति अलौकिकविग्रहवाक्यात्. अतः प्रक्रियाकाले सर्वप्रथमम् अलौकिकविग्रहवाक्यं चिन्तनीयम्. अत्र भवतः चक्षुः लौकिकविग्रहवाक्यमस्ति भवतः चक्षुः. लौकिकविग्रहवाक्य अनुसरणे भवतः भवत् योगः वास् वास् इति षष्ठीविभक्ति एकवचन सुप्रत्ययः अस्ति वास्. चक्षुः योगः सु सु इति प्रथमाविभक्ति एकवचन सुप्रत्ययः अस्ति सु. अतः भवत् योगः वास् योगः चक्षुयोगः सु इति अलौकिकविग्रहवाक्यं कर्तुं शक्यते इति अहं चिन्तयामि भगिनि.
आम् तावदेव. इत्युक्ते अत्र भवतीति प्रातिपदिकं स्वीकर्तव्यं. समस्तपदनिर्माणावसरे प्रातिपदिकम् एव प्रकृतिः, किन्तु तिङन्तपदनिर्माणसमये धातुः प्रकृतिः भवति. अत्रापि प्रकृतिप्रत्ययसंयोगः अस्ति. तिङन्तपदनिर्माणसमये अपि प्रकृतिप्रत्यय मेलनं भवति, अत्रापि तादृशरीत्या एव भवति. अत्र प्रकृतिः प्रातिपदिकं, भवतीति एकं प्रातिपदिकं, चक्षु इति अन्यत् प्रातिपदिकम् अस्ति. अपि च प्रकृतिप्रत्ययविभागं कुर्मः, भवत्योगः नस् इति तादृशविभागं विभागः अलौकिकविग्रहवाक्ये क्रियते इति वयम् अत्र तावदेव. अग्रिमं पठतु.
आदौ समाससंज्ञा विधीयते प्राक्कडारात् समासः इति सूत्रेण. तदनन्तरं विशिष्टसमाससंज्ञा विधीयते विशिष्टसमासविधायकसूत्रेण, यथा तत्पुरुषसंज्ञा, द्वन्द्वसंज्ञा, बहुव्रीहिसंज्ञा, अव्ययीभावसंज्ञा इत्यादयः. अत्र समास यदा समासः क्रियते प्रथमं सूत्रम् आगच्छति प्राक्कडारात् समासः इति सूत्रेण. अनेन सूत्रेण समाससंज्ञा विधीयते. तदनन्तरं प्राक्कडारात् समासः इति अधिकारसूत्रम् अस्ति. एतस्य अधिकारे बहूनि सूत्राणि सन्ति, यथा अव्ययीभावः, तत्पुरुषः, बहुव्रीहिः, द्वन्द्वस्य इत्यादयः. प्राक्कडारात् समासः इति सूत्रेण समासः कृत्वा अनन्तरं विशिष्ट समाससंज्ञा विशिष्ट समास अधिकारसूत्रेण सूत्रे यानि सूत्राणि पठितानि इत्युक्ते अव्ययीभावः इति अधिकारसूत्रे यानि सूत्राणि पठितानि तैः ये समासाः क्रियन्ते तत् सर्वे अव्ययीभावसमासाः भवन्ति. तथा एव तत्पुरुषः अधिकारे यानि सूत्राणि पठितानि सन्ति तेन यानि ये समासाः क्रियन्ते ते सर्वे तत्पुरुषसमासाः भवन्ति. बहुव्रीहिसंज्ञा बहुव्रीहि शेषो बहुव्रीहिः इति अधिकारसूत्रम् अस्ति. तेन सूत्रेण तस्य अधिकारे यानि सूत्राणि पठितानि सन्ति तेन सूत्रेण ये समासाः क्रियन्ते तत्तु बहुव्रीहिसंज्ञकाः भवन्ति. तथा एव अव्ययीभावसंज्ञा, अव्ययीभावः तु प्रथमम् अस्ति अव्ययीभावः, तत् अनन्तरं तत्पुरुषः अस्ति, बहुव्रीहि तदनन्तरं बहुव्रीहिः अस्ति, द्वन्द्व तु अन्ते एव अस्ति.
इत्युक्ते तादृशक्रमः अस्ति, सूत्राणां क्रमः अष्टाध्याय्याम् अन्तिमं सूत्रम् अत्र समाससम्बद्धविधायकसूत्रं, द्वन्द्वसमाससूत्रम् एकमेव सूत्रम् अन्ते दत्तमस्ति. आरम्भे अव्ययीभाव समासाधिकारसूत्रमस्ति. उत्तमं महोदय, इत्युक्ते धन्यवादः. अत्र समाससामान्यसमाससंज्ञा विधीयते प्राक्कडारात् समासः इति सूत्रेण. इत्युक्ते प्रथमं सूत्रं यदा वयं समस्तपदनिर्माणं कुर्मः, प्रथमं सूत्रं प्राक्कडारात् समासः इति सूत्रेण समाससंज्ञा विधीयते. तदनन्तरमेव विशिष्टसमाससंज्ञा एतैः सूत्रैः दीयते. उत्तमम्. अनन्तरं अस्माकं परिचितं वाक्यमेव अग्रिमं वाक्यं, तदपि भवानेव पठतु. अग्रिमं वाक्यं.
यदा हि सुप्रत्ययानां
समस्तपदस्य निर्माणार्थं
विधायकसूत्रस्य आवश्यकता अस्ति. समासस्य विधायकसूत्राणि द्वितीयाध्यायस्य प्रथमपादे, द्वितीयपादे च सन्ति. इत्युक्ते समासकर्तुं विधायकसूत्रस्य आवश्यकता अस्ति. समासस्य विधायकसूत्राणि अष्टाध्याय्यां द्वितीयाध्यायस्य प्रथमपादस्य प्रथमसूत्रात् आरभ्य द्वितीयाध्यायस्य अन्तिमसूत्रपर्यन्तम् अस्ति.
वदतु महोदय, भवान् वदतु.
भगवता पाणिनिना सर्वाणि समासविधायकसूत्राणि अष्टाध्यायां द्वितीय अध्यायस्य प्रथमपाद एवं द्वितीयपाद पादद्वये पादद्वये सर्वाणि सूत्राणि समाविष्टानि सन्ति. तत्र प्रथमपादे तु द्वे सप्ततिसूत्राणि सन्ति, द्वितीयपादे अष्टत्रिंशत् सूत्राणि आहत्य दश उत्तरशतं सूत्राणि सन्ति. ते सर्वे समाससम्बन्धानि सूत्राणि सन्ति, तैः एव समासः क्रियते.
अस्तु, धन्यवादः महोदय. तावदेव अत्र इत्युक्ते समास समस्तपदनिर्माणार्थं विधायकसूत्रम् आवश्यकम् इति अनेन ज्ञायते. अत्र विनय महोदय, भवान् पठतु अग्रिमं वाक्यम्. विनय महोदय अस्ति वा अत्र? अत्र अस्ति वा महोदय? नो चेत् जगन्नाथ महोदय, भवान् पठतु.
प्रातिपदिकसंज्ञा कृतधृतसमासः च अयं सूत्रः प्रातिपदिकनिर्माणं हेतु कार्यं करोति. यथा वयं कोऽपि अतिमालः सम्बन्धे अवदत् तर्हि कृत्पद्यसमासकारणेन अतिमालः प्रातिपदिकं रूपः अतिमालस्य प्रातिपदिकं रूप भवति, तर्हि एव सुपा प्रातु प्रातिपदिकम् इत्यादि लुक् भवति. तर्हि अन्य कार्याणि भवन्ति. अन्ततः अतिमालः निष्पन्नः, परन्तु प्रातिपदि
वदतु महोदय. अत्र साधारणतया वयं प्रातिपदिकसंज्ञा आरम्भे तत्र व्याकरणलोके प्रातिपदिकसंज्ञा केन सूत्रेण दीयते? वयं व्याकरणं पश्यामश्चेत् तत्र एकं सूत्रमस्ति, अर्धवत्तधातुरप्रत्ययः प्रातिपदिकम् इति एकं सूत्रमस्ति. किन्तु अत्र समासप्रसङ्गे भिन्नसूत्रेण प्रातिपदिकसंज्ञा दीयते. अत्र समस्तपदनिर्माणावसरे यथा भवता उक्तम् अतिमाल इति पदस्य प्रातिपदिकसंज्ञा अनेन सूत्रेण दीयते. इतोपि किञ्चित् विवृणोति वा महोदय, कृत्तद्धित्तसमासाश्च इति सूत्रस्य प्रसङ्गे? अत्र अत्र अस्माकं कृते किञ्चित् नूतनं सूत्रमस्ति, कृत्तद्धितसमासाश्च किञ्चित् नूतनं सूत्रम्. इतोपि किञ्चित् वदति वा तस्मिन् विषये?
अहं केवलं भिन्न व्यवस्थायां धातु प्रातिपदिकसंज्ञा कृतत् समासचः प्रातिपदिकं निर्माणं पश्यामः. इति अतिमाला नास्ति, परन्तु अन्य व्यवस्थायां प्रातिपदिकनिर्माणाय अति आवश्यकं सूत्रमस्ति. यदि अहं यदि भवती वदति केवलं समाससम्बन्धे अस्ति, अन्य अहं न जानामि.
अत्र कृत्तद्धितसमासाश्च इति सूत्रस्य प्रसङ्गे कोऽपि इतोपि वदति वा? कोऽपि जानाति चेत् नो चेत् किञ्चित् वदामि.
प्रातिपदिकम् अनेन भिन्नकार्येण भवति. कृत् प्रत्ययोग अपि तद्दिनप्रत्ययोग अपि प्रातिपदिकं निर्माणं शक्यम्.
उत्तमम् उत्तमम्. अत्र अस्मिन् सूत्रे कृत्तद्धितसमासाश्च इति सूत्रे कृत् प्रत्ययान्तशब्दाः तद्धितप्रत्ययान्तशब्दाः समासशब्दाः इत्युक्ते सामासिकशब्दाः एतेषां शब्दानां प्रातिपदिकसंज्ञा दीयते अनेन सूत्रेण. पूर्वं वयं दृष्टवन्तः वृत्तयः सन्ति, वृत्तिः सन्ति, वृत्तिः अस्ति. वृत्तिः का इत्युक्ते तत्र परार्थाभिधानं वृत्तिः इति वयं दृष्टवन्तः. तादृशरीत्या एव अत्र कृद्वृत्तिः, तद्धितवृत्तिः, समासवृत्तिः वयं दृष्टवन्तः. अधुना वयं समासवृत्तेः विषये चर्चां कुर्मः. किन्तु अत्र कृत्तद्धितसमासाश्च इति सूत्रेण समस्तपदानां प्रातिपदिकसंज्ञा दीयते. साधारणतया प्रातिपदिकसंज्ञा अर्धवत्तधातुरप्रत्ययः प्रातिपदिकम् इति सूत्र तत्सूत्रं प्रातिपदिकं नाम किम् इति तत्सूत्रं वदति. किन्तु अत्र कृत्तद्धितसमासस्य सूत्रेण प्रातिपदिकसंज्ञा दीयते. किन्तु अस्मिन् सूत्रे प्रातिपदिकम् इति पदं नास्ति. कथं जानीमः इदं सूत्रं प्रातिपदिकसंज्ञा दीयते इति विषयः कथं ज्ञातुं शक्नुमः? कोऽपि वदतु. वदतु वदतु भगिनि. अनुवृत्ति इतोपि विवृणोतु. इत्युक्ते अत्र पूर्वं सूत्रमस्ति. पूर्वं सूत्रं किम्? अर्धवत्तधातुरप्रत्ययः प्रातिपदिकम् इति पूर्वसूत्रं. पूर्वसूत्रसङ्ख्या का इत्युक्ते तत्र पञ्चचत्वारिंशत्तमं सूत्रं पूर्वसूत्रं. किन्तु इदं सूत्रं षट्चत्वारिंशत्तमं सूत्रम् इत्युक्ते परसूत्रम् इदं सूत्रं. पूर्वसूत्रात् प्रातिपदिकम् इति पदम् अनुवृत्तिरूपेण अस्मिन् सूत्रे आयाति. तदर्थमेव अनेन सूत्रेण प्रातिपदिकसंज्ञा दीयते. अग्रिमं वाक्यं विनय महोदय, भवानेव पठतु अग्रिमं वाक्यं.
विभक्तेः लोपः च सुको धातुप्रातिपदिकयोः प्रातिपदिकस्य अव्ययवरूपेण सुकप्रत्ययानां लुक् भवति. अहं करपत्रं प्रायः न पठामि, परन्तु तत्पश्चात् भक्तेः लोपः च भवति. सुपः द्वयं धातुप्रतिपादिकयोः इत्यनेन सूत्रेण कृत्तद्धितसमासच इत्यनेन समासस्य प्रातिपदिकसंज्ञा अस्ति इति कारणेन प्रातिपदिकस्य अवयवरूपेण विद्यमानानां सुप्प्रत्ययानां लुक् भवति. सूत्र अस्ति सुपौ धातुप्रातिपदिकयोः. अतः सुप द्वयं लोपः भवति. लोपः उदाहरणं यदि वयं
भवचक्षुः इति पदं दत्तमस्ति. तत् पदं स्वीकृत्य अत्र विभक्तिलोपः इत्युक्ते किं किञ्चित् प्रतिपादयतु.
प्रायः स्मरणं करोमि. भवतः चक्षुः, यदि भवतः चक्षुः अस्ति तर्हि तर्हि
अत्र महोदय किञ्चित्
भवतः च
वदतु वदतु
भवतः भवतः
किमर्थं किमर्थं पृष्टवती इत्युक्ते महोदय अत्र किमर्थं पृष्टवती इत्युक्ते तत्र अस्मिन् करपत्रे भवतः चक्षुः इति विग्रहवाक्यं भवच्चक्षुः इत्यस्य विग्रहवाक्यं दत्तम् अस्ति तत्र तस्मिन् पदे सुप्रत्ययोः लोपः भवति इत्युक्ते विभक्तिलोपः भवति भवतः इत्यस्मात् भवतः इति पदस्य विभक्तिः षष्ठीविभक्तिः तत्र वयं जानीमः एकविंशतिसुप्रत्ययाः सन्ति कोऽपि स्मारयति वा एकविंशतिसुप्रत्ययाः के अत्र गीताञ्जलिभगिनी भवती स्मारयति वा कोऽपि एकविंशतिसुप्रत्ययाः सन्ति कथम् इत्युक्ते
सु औजस् अम् औट् शस् ताभ्यां भिस् ङेभ्यां भिस् नसीभ्यां भिस् नस्भ्यां भिस् पुनः नसि आगच्छति नसि औ किम् आगच्छति मूलप्रत्ययसुप्
इत्युक्ते आहत्य अत्र एकविंशतिसुप्रत्ययाः सन्ति सु औ जस् अम् औट् शस् ताभ्यां भिस् नेभ्यां भ्यस् नसिभ्यां भ्यस् नस् ओस् आम् एतावता एकविंशतिसुप्रत्ययाः सन्ति किन्तु भवच्चक्षुः इत्यस्मिन् पदे षष्ठीविभक्ति एकवचनप्रत्ययः अस्ति नस् अस्ति अपि च चक्षुः इत्यस्मिन् पदे सु इति प्रत्ययः अस्ति द्वयोः विभक्तिलोपः भवति अत्र केन सूत्रेण सुपो धातुप्रातिपदिकयोः इति सूत्रेण तत्र सुपो धातुप्रातिपदिकयोः इत्यस्मिन् सूत्रे सुपो इति पदं तत्र विसर्गसन्धिः भवति किन्तु तत्र पदमस्ति सुपः इति पदं किन्तु धातुप्रातिपदिकयोः इति एकमेव पदं धातुप्रातिपदिकयोः तत्र षष्टिद्विवचनं पदम् अस्ति अत्र समासप्रसङ्गे धातु इति पदस्य प्रसक्तिः नास्ति अत्र केवलं प्रातिपदिकयोः इति पदमेव स्वीकर्तव्यम् इत्युक्ते अत्र समस्तपदनिर्माणप्रसङ्गे यद्यपि सूत्रे धातुप्रातिपदिकयोः इति दत्तमस्ति तथापि तत्र केवलं प्रातिपदिकयोः इत्यस्य प्रसक्तिरेव अस्ति अत्र सुपः सुपो धातुप्रातिपदिकयोः इत्यस्मिन् पदे अपि लोपः इति पदं नास्ति कथं जानीमः अत्रापि अत्रापि पूर्वसूत्रात् कोऽपि वदतु
अनुवृत्तिसहितसूत्रं किम् इति न जानामि किन्तु यत् अनुवृत्तिः भवति तत्र लोपः प्रायः अनुवृत्तिः भवति
आं भगिनि अत्र धातुप्रातिपदिकयोः सुपः लुक् इति पूर्णं सूत्रं सम्पूर्णं सूत्रम् इत्युक्ते तत्र व्याकरणलोके लुक् इत्युक्ते लोपः इति अर्थः लुक् श्लू लुपः इति वयं जानीमः एव तत्र लुक् भवति लुक् इत्युक्ते लोपः धातुप्रातिपदिकयोः सुपः लोपः किन्तु साधारणतया वयं किं चिन्तयामः केवलं सुबन्तपदेषु एव विभक्तिः इति पदं श्रूयते किन्तु अत्र धातोः प्रसङ्गे अपि विभक्ति इति पदम् आयाति तत्र विभक्तिश्च इति सूत्रेण अत्र तिङन्तप्रसङ्गे अपि विभक्तिश्च इति सूत्रेण विभक्तिसंज्ञकाः भवन्ति धातवः अपि तत्र
क्षम्यतां किञ्चित् भ्रमः अस्ति प्रथमम् अस्ति कृत्सदितसमासः च तत् सूत्रं वदति कृदन्त पदानि तद्धितपदानि समासाः च प्रातिपदिकरूपेण भवति इति वा
अत्र कृत्तद्धितसमासश्च इति सूत्रेण यत् समस्तपदं निर्मितमस्ति तस्य प्रातिपदिकसंज्ञा भवति.
अस्तु, अनन्तरं सुपो धातु प्रति प्रातिपदिकयोः सूत्रं वदति विभक्तिलोपः भवति इति.
अत्र तत्र प्रथमतया एव अत्र अलौकिकविग्रहवाक्यं रचनां कुर्मः, तदा एव अत्र सुपोधातुप्रातिपदिकयोः इत्यनेन तत्र विभक्तिलोपः, द्वयोः सुबन्तयोः विभक्तिप्रत्ययानां लोपः भवति अनेन सूत्रेण.
अनन्तरमेव समासः भवति खलु?
अनन्तरं नास्ति भगिनी, अहं चिन्तयामि अत्र पूर्वं पूर्वं तत्पदं भवति इति पदं प्रातिपदिकसंज्ञा इत्युक्ते तत्र तस्य पदस्य प्रातिपदिकसंज्ञा केन सूत्रेण भवति?
अस्तु, एकनिमिषं प्रश्नं पृच्छामि. इदानीं तु सीता अस्ति, पतिः अस्ति, सीतापतिः अस्ति, कथं समस्तपदमस्ति सीतापति प्रातिपदिकं कथं निर्मातुं शक्नुमः? इदानीं तु सीतायाः अस्ति, पतिः अस्ति, तत्र द्वयोः शब्दयोः विभक्तिलोपः भवति, सीता तिष्ठति, पति तिष्ठति, इदानीं मेलितुं शक्नुमः, सीतापति भवति. अनन्तरं सीतापतिः गच्छति, नो चेत् अहं सीतापतिं पश्यामि, अहं सीता पतया सह गच्छामि इति वक्तुं शक्नुमः खलु?
अत्र तदर्थं समस्तपदनिर्माणार्थमेव एतानि सर्वाणि सोपानानि. तत्र अग्रे अस्माकं कृते भगिन्या एकम् उदाहरणं दत्तमस्ति, राजपुरुषः इति उदाहरणं दत्तवती भगिनी. अधुना वयं अत्र इतोपि किं लिखितमस्ति, समासस्य प्रातिपदिकसंज्ञा कृत्तद्धितसमासाश्च इति कारणेन प्रातिपदिकस्य अत्र अत्र वाक्यं पश्यन्तु, प्रातिपदिकस्य अवयवरूपेण विद्यमानानां सुप्रत्ययानां लुक् भवति. इत्युक्ते एतावत्पर्यन्तं भवतः इति पदस्य
कुतः पतति?
अत्र षष्ठः बिन्दुः.
अस्तु,
तत्र
तत्पश्चात् विभक्तेः लोपश्च भवति धातु प्रातिपदिकयोः.
तदेव इत्युक्ते एतावत्पर्यन्तं तत्र सुबन्तपदस्य अवयवरूपेण तत्र सुप्रत्ययाः सन्ति. भवतः इत्यस्मिन् पदे भवत् प्रातिपदिकम् अपि च न्यस् प्रत्ययः प्रातिपदिकस्य अवयवरूपेण तत्र पूर्वं लिखि स्थापितमस्ति. अधुना तयोः विभागं कृत्वा वयं सुप्रत्ययानां लोपं कुर्मः, लुक् भवति सुपोधातु प्रातिपदिकयोः इति सूत्रेण. तदनन्तरं किं भवति, का पठति अत्र? दर्शना भगिनी भवती पठतु, अग्रे उदाहरणमपि अस्ति, राजपुरुषः इति उदाहरणं दत्तवती भगिनी, तस्मिन् सन्दर्भे इतोपि परिशीलयामः. अत्र दर्शना भगिनी पठतु.
पठामि. यदा हि सुप्रत्ययानां लोपः जायते तदा प्रश्नः उदेति यत् सुप् प्रत्ययानां लोपानन्तरमपि पूर्वपदस्य पदसंज्ञा अस्ति वा प्रातिपदिकसंज्ञा अस्ति वा इति. प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन प्रत्ययस्य लोपानन्तरम् अपि प्रत्ययस्य लक्षणं तिष्ठति इत्यतः पूर्वपदस्य प्रातिपदिकसंज्ञा अपि अस्ति, पदसंज्ञा अपि अस्त्येव. अतः एव अष्टमाध्याये द्वितीयपादे यानि पदसम्बद्धसूत्राणि सन्ति तेषां प्रसक्तिः भवति, कार्यञ्च भवति बहुत्र. यदा हि सुप्रत्ययानां लोपः जायते, वयं दृष्टवन्तः यत् प्रत्यय विग्रहवाक्यतः प्रत्ययानां विभक्ति लुक् भवति इति यदा तत् भवति तदा प्रश्न उदेति यत् सुप् प्रत्ययानां लोपानन्तरम् अपि इदानीं विग्रहवाक्ये अनेकानि पदानि सन्ति तर्हि लोपानन्तरं किं पदं पूर्वम् अपि किं पदम् अनन्तरं भवति इति प्रश्न उदेति प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन प्रत्ययस्य लोपानन्तरम् अपि प्रत्ययस्य लक्षणं तिष्ठति इत्यतः पूर्वपदस्य प्रातिपदिकसंज्ञा अपि अस्ति पदसंज्ञा अपि अस्ति एव अतः तदर्थम् अष्टमाध्याये वयं जानीमः इत्यर्थेव अष्टमाध्याये द्वितीयपादे पदसम्बद्धसूत्राणि सन्ति तेषां प्रसिद्धिः भवति कार्यञ्च भवति इति तद् ज्ञातुम्
अत्र प्रश्नः कः इत्युक्ते यदा वयं पूर्वस्मिन् वाक्ये किम् उक्तमस्ति सुपो धातुप्रातिपदिकयोः इत्यनेन सुपः लोपः भवति इति वयं दृष्टवन्तः यदा वयं सुप्रत्ययानां लोपः भवति तदा प्रश्नः कः इत्युक्ते प्रत्ययस्य लोपानन्तरं प्रत्ययानां लोपानन्तरं पूर्वपदस्य अपि च उत्तरपदस्य पदसंज्ञा अस्ति वा इति द्रष्टव्यं पदसंज्ञा इति किमर्थम् आवश्यकम् इति चिन्तनीयं साधारणतया व्याकरणलोके किं वदामः अपदं न प्रयुञ्जीत इति एकं वाक्यमस्ति महाभाष्यवाक्यं तत् किं वदति इत्युक्ते पदं नास्ति चेत् तस्य प्रयोगः न करणीयः इति विषयः तत्र किन्तु अत्र विभक्तिलोपानन्तरं तस्य पदसंज्ञा अस्ति वा तस्य प्रातिपदिकसंज्ञा अस्ति वा इत्युक्ते तत्र सीता इति पदात् प्रत्ययलोपानन्तरं सीता इति पदं भवति वा पति इति पदं भवति वा इति प्रश्नः आयाति तस्य समर्थनार्थं पदसंज्ञा अस्ति इति वक्तुम् अत्र एकं सूत्रमस्ति प्रत्ययलोपे प्रत्ययलक्षणम् इति अनेन सूत्रेण अत्र प्रत्ययानां लोपानन्तरम् अपि प्रत्ययस्य लक्षणं तिष्ठति इति इदं सूत्रं वदति प्रत्ययलोपे प्रत्ययलक्षणं यद्यपि प्रत्ययस्य लोपः भवति तथापि प्रत्ययनिमित्तिकं कार्यं भवति एव इत्युक्ते तस्य पदसंज्ञा अस्ति एव पदसंज्ञा किमर्थम् इत्युक्ते यदा वयं समस्तपदनिर्माणं कुर्मः तदा तत्र सन्धिः नित्यः सन्धिकार्याणि भवितव्यानि तत्र सन्धिकार्याणां प्रसङ्गः कुत्र अस्ति अष्टमाध्यायस्य द्वितीयपादे तत्र कानिचन सन्धि विधायकसूत्राणि सन्ति तत्र अग्रे अपि अस्मिन् करपत्रे दत्तमस्ति वयम् एकं सूत्रं जानीमः जस्वसन्धेः विषये झलां जशोन्ते इति सूत्रमस्ति तत् सूत्रं किं वदति तत्र सूत्रे किं लिखितमस्ति पदान्ते इति अस्ति इत्युक्ते तत् पदं नास्ति चेत् तत्र कार्यं न भवति तदर्थं पदसंज्ञा अपेक्षितः तदर्थमेव अत्र सुप्रत्ययानां लोपानन्तरम् अपि द्वयोः पदयोः पदसंज्ञा तिष्ठति एव इति इदं सूत्रं प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रं वदति इत्युक्ते भवत्याः अवगमनं किं भगिनि इतोपि भवती वक्तुमिच्छति वा
तदेव तर्हि प्रत्ययस्य लोपानन्तरं तत्र संज्ञा अस्ति वा न वा इति ज्ञातुम् अष्टमाध्याये द्वितीयपादे पदसम्बद्धसूत्राणि गन्तव्यं सोरि द्रष्टव्यम् इति
इत्युक्ते अष्टमाध्यायस्य द्वितीयपादे इत्युक्ते तत्र त्रिपाद्यां कानिचन सन्धिसूत्राणि सन्ति इत्युक्ते सन्धिकार्याणां कृते तत्र विधायकसूत्राणि सन्ति इत्युक्ते समस्तपदनिर्माणसमये सन्धिः नित्यः इत्युक्ते सन्धिकार्यं कर्तुं तत्र द्वयोः पदयोः पदसंज्ञा अस्ति चेदेव सन्धिकार्यं भवति तदर्थं तयोः द्वयोः पदयोः पदसंज्ञा अस्ति वा इति द्रष्टव्यम् अस्ति इति इदं सूत्रं वदति. इत्युक्ते प्रत्ययस्य लोपः भवति चेत् अपि प्रत्ययाश्रितं कार्यं भवति एव, तेषां तयोः पदसंज्ञा अस्ति एव इति इदं सूत्रं वदति. अग्रिमं पठतु.
समासे उपसर्जनस्य अभिज्ञानम् अत्यावश्यकम्. उपसर्जनस्य अभिज्ञानं भवति प्रथमानिर्दिष्टं समास उपसर्जनम् इति संज्ञासूत्रेण. यस्य पदस्य उपसर्जनसंज्ञा भवति तत् पदं पूर्वं तिष्ठति उपसर्जनं पूर्वम् इति सूत्रेण. प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रं वदति समासविधायकसूत्रे यत् पदं प्रथमाविभक्तौ निर्दिष्टम् अस्ति तस्य उपसर्जनसंज्ञा भवति. उपसर्जनं पूर्वम् इति सूत्रं वदति यस्य पदस्य उपसर्जनसंज्ञा भवति तस्य पूर्वनिपातः भवति. तर्हि इदानीं वयं प्रत्ययस्य लोपानन्तरं वयं सन्धि कृत्वा किं पदं पूर्वं किं पदम् उत्तरम् इति ज्ञातव्यं. वयं प्रथमानिर्दिष्टं समास उपसर्जनम् इति संज्ञासूत्रेण वयं जानीमः यत् सूत्रे यत् पदं प्रथमा विभक्तौ अस्ति तत् पदं संज्ञा भवति इति. उपसर्जनम् इत्युक्ते तत्र सूत्रे विग्रहवाक्ये कानिचन किमपि पदस्य विभक्ति अस्ति सीतायाः पति इति. तत्र सीतायाः इति पदे विभक्ति अस्ति षष्ठी. तर्हि प्रथम वयं द्रष्टव्यं किं सूत्रे प्रथमा विभक्ति षष्ठी अस्ति इति. तत् सूत्रेण षष्ठी इति सूत्रेण यस्य पदस्य षष्ठी विभक्ति अस्ति तत्पदस्य उपसर्जनं भवति. तत् प्रातिपदिकं स्वीकृत्य उपसर्जनं पूर्वम् इति सूत्रेण पूर्वं पतितः भवति.
इत्युक्ते एतावत्पर्यन्तं केवलं द्वयोः पदयोः सुप्रत्ययानां लोपः एव अभवत्. किन्तु अस्माकं कृते बहु मुख्यं कार्यमस्ति किं पदं पूर्वं भवेत् किं पदं परं भवेत्. यदा सीतापतिः इति पदम् इत्यस्मिन् समस्तपदे सीतापदमेव किमर्थं पूर्वं भवेत् इति प्रश्नस्य उत्तरं दातव्यं. तदर्थमेव अत्र सूत्रद्वयम् इत्युक्ते एकं संज्ञासूत्रम् अन्यत् विधिसूत्रं दत्तमस्ति. तेन वयं अवगन्तुं शक्नुमः कस्य पूर्वप्रयोगः भवति इति वयं जानीमः. इत्युक्ते एते सर्वे अंशाः स्मर्तव्याः अस्माकं कृते. समस्तपदनिर्माणसाधनार्थं बहूनि सोपानानि अत्र दत्तानि. इदम् एकं सोपानम्. उत्तमं. बालसुब्रह्मण्यमहोदय भवान् पठतु.
धन्यवादः.
समासप्रक्रियायां कुत्रचित् समासान्तप्रत्ययः विधीयते. समासप्रत्ययः
तत्र पूर्वं ज्ञातमेव. तत्र सूत्राणि दत्तानि, सूत्राणि ज्ञातानि एव. चिन्ता मास्तु, पठतु.
नवमः बिन्दुः किल,
नवमबिन्दुः, पठतु.
समासप्रक्रियायां कुत्रचित् समासान्तप्रत्ययः विधीयते. समासान्तप्रत्ययः समासस्य अवयवः भवति. समासान्तप्रत्ययस्य विधानान्तरं सम्पूर्णस्य समासस्य प्रातिपदिकसंज्ञा भवति. सो यदा समासं समाप्तम् इति चेत् तदनन्तरं समास अन्तप्रत्ययः विधीयते कुत्रचित् केनचित् समासे. समासान्तप्रत्ययः समासस्य अवयवः भवति, अन्तः प्रक्रियः अपि समासस्य अवयवः भवति, तस्मात् तत् अपि करणीयम्। समासान्तप्रत्ययस्य विधानानन्तरं सम्पूर्णस्य समासस्य प्रातिपदिकसंज्ञा भवति। इतः पूर्वं सर्वे अपि कार्यं कृतः, अन्तिम एव समासान्तप्रत्ययः विधीयते, तदपि कृतः चेत् सम्पूर्णं समासः समाप्तं, समस्तपदं प्रातिपदिकसंज्ञा भवति।
इत्युक्ते अत्र वयम् अष्टाध्यायीपुस्तके वयं पूर्वस्मिन् सप्ताहे वयं दृष्टवन्तः समासान्तप्रत्ययाः इति एकः विषयः अस्ति। यदि समासप्रक्रियायां समासान्तप्रत्ययः विधीयते चेत् सः समासान्तप्रत्ययः समासस्य अवयवः भागः, तस्य भागः भवति। अत्र एतदर्थम् अहं मम कृते एकं परिचितम् उदाहरणं वदामि। बहुव्रीहिसमासप्रसङ्गे एकं पदं वदामि, अपत्नीकः इति एकं पदम् अस्ति। अपत्नीकः इत्युक्ते अत्र न विद्यते पत्नी यस्य सः, अपत्नीकः। बहुव्रीहिसमासप्रसङ्गे साधारणतया कप्रत्ययं योजयामः, तत्र पदस्य अन्ते समासान्तप्रत्ययः आयाति, कप् इति प्रत्ययः आयाति। तत्र कानिचन पदानि सन्ति, अपत्नीकः, जीवन्मातृकः, पीताम्बरकः, तादृशरीत्या अन्ते क इति पदं योजयामः, तदेव समासान्तप्रत्ययः। एकवारं समस्तपदनिर्माणस्य अनन्तरम् अन्ते समासान्तप्रत्ययं योजयामश्चेत् तदा सः प्रत्ययः समासस्य अवयवः भवति। तदर्थं तदनन्तरं समासान्तप्रत्ययस्य योजनानन्तरं समस्तपदस्य प्रातिपदिकसंज्ञा कृत्तद्धितसमासाश्च इति सूत्रेण भवति। इत्युक्ते समासान्तप्रत्ययाः इति एकः विषयः तत्र समासनिर्माणप्रसङ्गे के तत्र कैः सूत्रैः समासान्तप्रत्ययाः विधीयन्ते, तदर्थमपि सूत्राणि सन्ति। विशेषतया बहुव्रीहिसमासप्रसङ्गे समासान्तप्रत्ययाः विधीयते, तत् मया पठितम्। अग्रिमं पठतु
दशमः। समासे कुत्रचित् उत्तरपदस्य प्रभावेन पूर्वपदस्य परिवर्तनं
भगिनि भगिनि एकनिमिष एकः प्रश्नः अस्ति,
वदतु वदतु भगिनि।
भवती बहु सम्यक् उक्तवती अपत्नीकः, किन्तु इदानीं अपत्नीकः मास्तु अपुत्रीकः वक्तुं शक्नुमः।
तत्र सूत्राणि सन्ति भगिनी, तत्र कुत्र कप्रत्ययं योजयामः, कुत्र नित्यरूपेण।
अस्तु अस्तु, मम प्रश्नः अस्ति इदानीम् अपत्नीकः इत्युक्ते पुरुषः एव, किन्तु स्त्री अपि भवितुं शक्नोति चेत् पुत्री का भवति का?
अत्र नियमाः सन्ति, बहवः नियमाः सन्ति। केवलम् अपत्नीकः इति पदं किमर्थम् उक्तवती इत्युक्ते तत् पदम् अहं पठितवती, तत्र न विद्यते पत्नी यस्य सः अथवा अविद्यमाना पत्नी यस्य सः, एतादृशरीत्या विग्रहवाक्यं वक्तव्यं भवति। किन्तु कुत्र कप्रत्ययं नित्यरूपेण भवति, कुत्र विकल्पेन भवति, कुत्रचित् विकल्पेन भवति इत्युक्ते केवलं तत्र वीरपुरुषः इति एकं पदमस्ति, इत्युक्ते वीराः पुरुषाः यस्मिन् सः, इत्युक्ते वीरपुरुषः इति एक ग्रामः इति पदस्य उदाहरणम्। एतत् सर्वं बहुव्रीहिसमासप्रसङ्गे पुनः आयाति। तत्र वीरपुरुषः इति वदामश्चेत् कस्यचित् ग्रामस्य विशेषणं भवति, इत्युक्ते तस्मिन् ग्रामे बहवः वीराः सन्ति, वीराः पुरुषाः यस्मिन् सः, तत्र वीरपुरुषः। तत्र विकल्पेन वीरपुरुषः कः इति अपि वक्तुं शक्यते, इत्युक्ते तत्र समासान्तप्रत्ययः अस्ति, क कप्रत्ययं योजयामः बहुव्रीहिसमासप्रसङ्गे. आहत्य समासान्तप्रत्ययस्य योजनानन्तरं सम्पूर्णसमस्तपदस्य प्रातिपदिकसंज्ञा दीयते.
अनन्तरं तत्र विभक्ति योजितुं शक्नुमः.
आम् तदेव. समापनीयं. पठतु महोदय.
समासे कुत्रचित् उत्तरपदस्य प्रभावेन पूर्वपदस्य परिवर्तनं भवति. उत्तरपदे इति अधिकारे यानि सूत्राणि पठितानि तेषां ज्ञानम् आवश्यकम्. सो उत्तरपद इति अधिकारम् अस्ति. तेन केनापि सूत्राणि पठितानि चेत् ते सर्वे तेषां सर्वे ज्ञानम् आवश्यकं, करणम् अपि आवश्यकम्.
इत्युक्ते अत्र उत्तरपदाधिकारः इति वयं दृष्टवन्तः अष्टाध्यायी पुस्तके. इत्युक्ते उत्तरपदं किञ्चित् किमपि विशिष्टं पदमस्ति चेत् तदा पूर्वपदे कीदृशपरिवर्तनं भवति इति वयं परिशीलयामः अग्रे गत्वा. तत्र साधारणतया वयम् उत्तरपदाधिकारे पुंवद्भावः इति वयं दृष्टवन्तः. किञ्चित् वदतु महोदय, उत्तमबालिका इत्यस्मिन् पदे पुंवद्भावं कथं भवति?
अत्र उत्तमा बालिका इति पदे उत्तमा इति स्त्रीलिङ्गपदं पुंलिङ्गरूपं प्राप्नोति. उत्तमबालिका इति रूपं प्राप्नोति.
उत्तमं महोदय, तदेव. अत्र उत्तमबालिका इति समस्तपदमस्ति चेत् तत्र विग्रहवाक्यम् उत्तमा बालिका इति भवति. तत्र उत्तम इति पदं भाषितपुंस्कः शब्दः अस्ति इति कृत्वा तत्र उत्तमा इति पदस्य ह्रस्वत्वं भवति. इत्युक्ते तत्र ह्रस्वत्वम् इति न वक्तव्यं, तत्र पुंलिङ्गवत् प्रातिपदिकं स्वीकर्तव्यम्. उत्तमा इति पदं तस्य प्रातिपदिकं स्त्रीलिङ्गे उत्तमा एव, किन्तु पुंलिङ्गवत् प्रातिपदिकं स्वीकर्तव्यं भाषितपुंस्कः शब्दानां प्रसङ्गे. तदर्थमेव तत्र समस्तपदम् उत्तमबालिका इति भवति. तादृशरीत्या पुंवद्भावं कुर्मः. तदेव एतत् सर्वम् उत्तरपदाधिकारे कानिचन सूत्राणि दत्तानि, तेषाम् अवगमनमपि आवश्यकम्. उत्तमम्. अनन्तरं जगन्नाथ महोदय, भवान् पठतु अग्रिमम्. धन्यवादः महोदय. तत्र जगन्नाथ महोदय अस्ति वा?
अस्मि अस्मि. दशम न
एकादशबिन्दुः.
अतः समासप्रक्रियायां यत्र सन्धिकार्यस्य प्रसक्तिरस्ति तत्र सन्धिकार्यं करणीयमेव. यथा भवत् योगचक्षु, अत्र सन्धिकार्यस्य अवसरः अस्ति, अतः सन्धिकार्यं करणीयमेव. अधः प्रक्रिया प्रदर्शिता. यथा भवच्चक्षुः इत्यस्य भवत्ङस्योगचक्षुसु इति भवति. अत्र प्रथमतया समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितासमासाश्च इत्यनेन सूत्रेण. तदा सुप्रत्ययस्य लुक् भवति सुपोधातुप्रातिपदिकयोः इत्यनेन. भवत्ङस् योगचक्षुसु इत्यस्मिन् ङस् सु इत्यनयोः लुक् भवत्योगचक्षु सुप्तिनन्तपदम्.
अत्र महोदय, प्रथमतया अत्र समासे संहिता नित्या इति लिखितमस्ति, भवान् स्मारयति वा? तत्र एकः श्लोकः
समासे यत्र
पदस्तरे समासपदस्तरे अपि अहं सर्वदा तद् सन्धिकार्यं भवति एव. संहिता इत्युक्ते अति सान्निध्यम् अस्ति इत्युक्ते समस्तपदे प्रातिपदिकं यत्र भवति तत्र तत्र सन्धिकार्यं नित्यं करणीयम् इत्युक्ते तस्य विकल्पः नास्ति तत्र.
विकल्पः नास्ति तदर्थमेव
विकल्पः अस्ति यत्र अहं कुत्रापि अहम् एकस्मिन् स्थाने अहं पठनसमये अहं सन्धिः कृतवान् किन्तु लेखने सन्धिः नासीत् कुत्रापि तथा वाक्यस्तरे विकल्पः अस्ति
विवक्षानुगुणं तदर्थम् अत्र एकः श्लोकः अस्ति संहितैकपदे नित्या नित्या धातूपसर्गयोः नित्या समासे वाक्ये तु सा विवक्षाम् अपेक्षते इति श्लोकः अस्ति. इत्युक्ते एतावता समासप्रक्रियायां सन्धिकार्यस्य प्रसक्तिः अस्ति अपि च सन्धिकार्यं करणीयम् एव इति विषयः. अत्र अस्माकम् अवगमनार्थं सन्धिकार्यं करणीयम् इत्यस्य अवगमनार्थम् अत्र भवच्चक्षुः इत्यस्मिन् पदे कीदृशानि कार्याणि भवन्ति इति अत्र परिच्छेदे लिखितमस्ति. एकवारं पठतु महोदय अत्र पुनः.
समासप्रक्रियायां यत्र सन्धिकार्यस्य प्रसक्तिः अस्ति अत्रैव प्रसक्तिरस्ति इति उदाहरणत्वेन तत्र सन्धिकार्यं करणीयमेव. यथा यथा भवत् योगः चक्षु अत्र सन्धिकार्यस्य अवसरः अस्ति अतः सन्धिकार्यं करणीयमेव. अधः प्रक्रिया प्रदर्शिता यथा भवचक्षुः इति अस्ति भवत् इत्युक्ते भवतः इति अस्ति योगचक्षुः इत्युक्ते भवतः योगचक्षुः इति पदम् अस्ति तत्र.
किमपि किमपि नूतनं नास्ति महोदय. एतत् सर्वं वयं पूर्वमेव दृष्टवन्तः. अत्र प्रथमतया प्रकृतिप्रत्ययविभागः भवति तदनन्तरं कृत्तद्धितसमासाश्च इति सूत्रेण अत्र तयोः प्रातिपदिकसंज्ञा भवति. सुप्रत्ययस्य लोपः सुपोधातुप्रातिपदिकयोः इत्यनेन भवति. तत्र लोपः भवति इत्युक्ते नस् प्रत्ययस्य अपि च सुप्रत्ययस्य लोपः. अत्र लोपः इत्यस्मिन् स्थाने लुक् इति नूतनं पदं दत्तमस्ति. लुक् इत्युक्ते एकप्रकारकः लोपः. अत्र अत्र पूर्वं वयं प्रत्ययलोपे प्रत्ययलक्षणम् इति वयं दृष्टवन्तः. यद्यपि प्रत्ययानां लोपः भवति तथापि प्रत्ययलक्षणं तिष्ठति. तत्र प्रत्ययाश्रितं कार्यं भवति इति वदति. किन्तु अत्र सुप्तिङन्तं पदम् इति सूत्रमस्ति तस्य प्राधान्यता का अत्र?
यदा कुत्रापि सुप्तिङन्तस्य पदं सुबन्तं तिङन्तं पदयोः मेलनं भवति तथापि तत्र तत्सूत्रं सूत्रं वदति यत् तथापि एतत् सन्धिकार्यं तत्रापि भवति इति.
अत्र विषयः कः इत्युक्ते साधारणतया पदम् इति वदामश्चेत् पदं किमपि पदं पदं कथं भवति इत्युक्ते सुप्तिङन्तं पदम् इति सूत्रेण एव तस्य किमपि पदस्य पदसंज्ञा भवति. किम् इत्युक्ते तत्र यस्य पदस्य अन्ते सुप्रत्ययः अस्ति तत् पदं सुबन्तं, यस्य पदस्य अन्ते तिङ् प्रत्ययः अस्ति तत् पदं तिङन्तम्. अपदं न प्रयुञ्जीता इत्युक्ते पदं नास्ति चेत् तस्य प्रयोगः न करणीयः इत्युक्ते एतावत्पर्यन्तं अत्र सुप्रत्ययस्य लोपः भवति इति वयं दृष्टवन्तः सुपो धातुप्रातिपदिकयोः इति सूत्रेण द्वयोः सुप्रत्ययोः लोपः भवति चेत् इदानीमपि तयोः द्वयोः पदसंज्ञा भवति वा इत्यस्य उत्तरं प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रं ददाति. अत्र इत्थं पर्यवसितं तस्मात् आरभ्य पठतु.
इत्थञ्च पर्यवसितं यत् सन्धिचिन्तनावसरे समासे पूर्वपदस्य पदसंज्ञा भवति. लुकि सति लुप्तपदम् अधिकृत्य अङ्गकार्यं न भवति, किन्तु पदसंज्ञा इति नामकरणं न तु अङ्गकार्यम्. अतः पूर्वपदस्य पदसंज्ञानिमित्तीकृत्य सन्धिकार्यम् इत्यादिकं प्रवर्तनीयम् एतदाधारेण भवत्योगः.
तत्र त्यजतु महोदय. अत्र किमर्थं सन्धिचिन्तनावसरे समासे पूर्वपदस्य पदसंज्ञा भवति? केवलं केवलं पूर्वपदस्य प्रसक्तिः एव दत्तमस्ति, किमर्थम् अत्र
सन्धिसमासे पूर्वपदस्य पदसंज्ञा भवति? पूर्वपदस्य एव
इत्युक्ते
सन्धिः आगच्छति चेत् पूर्वपदस्य उत्तरपदस्य मध्ये आगच्छति. अतः इदानीं पूर्वपदं पदं नास्ति चेत्
पदसम्बद्धकार्याणि
केचित् सन्धिः न कर्तुं शक्नुमः. इत्युक्ते इदानीं तु झलां जशोन्ते पदान्ते एव झल् वर्णस्य स्थाने जश् वर्णः आदेशः भवति. इदानीं तु प्राथम पदं नास्ति चेत् प्रातिपदिकम् एव भवति चेत् तत्र कार्यं न कर्तुं शक्नुमः. अतः पदसंज्ञा तिष्ठति इति वदति.
उत्तमम् उत्तमं भगिनी, तदेव श्रोतुमिच्छामि महोदय. अत्र यदा अत्र यथा भगिन्या उक्तं तत्र पदसंज्ञा नास्ति चेत् सन्धिकार्यं कर्तुं न शक्यते. तत्र सुप्रत्ययानां लोपानन्तरं तत् सीता इति पदं भवति वा न वा इति शङ्का उदेति, किन्तु तस्य उत्तरमेव प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रं. यद्यपि प्रत्ययस्य लोपानन्तरं प्रत्ययलक्षणं तिष्ठति, अत्र पदमेव अपि च पूर्वपदं पदमेव तत्र यथा भगिन्या उक्तं सन्धिकार्यं कर्तुं तत्र पदसंज्ञा अपेक्षिता. तदर्थमेव सन्धिचिन्तनावसरे पूर्वपदस्य पदसंज्ञा इत्युक्ते उत्तरपदम् आधारीकृत्य तत्र सन्धिकार्यं न भवति. पूर्वपदस्य प्रसङ्गे एव किमर्थं विशेषतया उक्तमस्ति इत्युक्ते तदेव अत्र विषयः. अग्रे पठतु महोदय.
लुकि सति लुप्तपदम् अधिकृत्य अङ्गीकार्यं न भवति, किन्तु पदसंज्ञा इति नामकरण न तु अङ्गकार्यम्. अतः पूर्वपदस्य पदसंज्ञां निमित्तीकृत्य सन्धिकार्यम् इत्यादिकं प्रवर्तनीयम्. एतद् उदाहरणं दृष्ट्वा एव अहं सम्यक्तया अवगन्तुं शक्नोमि.
महोदय अत्र पश्यतु, पूर्वपदस्य पदसंज्ञां निमित्तीकृत्य सन्धिकार्यं प्रवर्तनीयम् इत्युक्ते पूर्वपदस्य पदसंज्ञा अपेक्षिता इति अत्र विषयः. पठतु.
अस्तु. भवति योग योगचक्षु जलान् शक्नोन्ते इति सूत्रेण भवद् योगचक्षुः अस्ति. भवत् योग जश्वन्ते, किन्तु जश्वर्णे जपगणितस्य ओके, किन्तु
सकारस्य स्थाने वर्गीय तृतीय आगच्छति
भगिनी कृपया चिन्तनं कर्तुम्
अत्र पश्यतु महोदय अत्र जलां जशोन्त सूत्रं भगिन्या दत्तम् अस्ति अत्र सूत्रं वयं व्याकरणवर्गे पठितवन्तः झल् प्रत्याहारः अस्ति जश् प्रत्याहारः अस्ति माहेश्वराणि सूत्राणि वयं पठितवन्तः तत्र पदान्ते
किन्तु जश् प्रत्यय तु मृदु व्यञ्जनानि तत्र चक्षुः तु कर्कश तदेव चिन्तयामि अत्र जलां
अत्र अस्माकम् अवगमनार्थं जलां जशोन्ते सूत्रं स्थापितमस्ति इत्युक्ते एतावता अत्र प्रथमतया भवच्चक्षुः इत्यस्मिन् पदे आरम्भे जलां जशोन्ते सूत्रेण जस्त्वसन्धिः भवति तदनन्तरं स्तोहश्चुनाश्चुः इति सूत्रेण अग्रे अत्र अस्मिन्नेव करपत्रे स्तोहश्चुनाश्चुः स्चुत्वसन्धि सूत्रमपि दत्तमस्ति तदनन्तरं
तत्र भवच्चक्षुः अस्तु
इत्युक्ते आहत्य अत्र सन्धित्रयं भवति तेन भवच्चक्षु इति प्रातिपदिकं सिद्ध्यति अत्र अग्रे परिशीलनीयम् अग्रिमं वाक्यमपि पठतु
तत्पश्चात् समासस्य लिङ्गं वचनञ्च निर्णीयेते अग्रिमेषु पाठेषु अनयोः विषये सूत्राणां पठनं भविष्यति समासस्य लिङ्गवचनं च निर्णीयते अस्तु तर्हि ततः एतद् एतत् सर्वं पूर्वपदं कृत्वा उत्तरपदे एतत् सर्वं वचनं एतद् कथं भवति इति
अत्र पश्यतु निर्णीयेते इति द्विवचनरूपं दत्तमस्ति किं निर्णीयेते लिङ्गं वचनं च अत्र समासप्रसङ्गे वयम् अत्र अस्मिन्नेव करपत्रे दत्तमस्ति परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः इति एकं सूत्रम् अस्ति इत्युक्ते द्वन्द्वसमासप्रसङ्गे तत्पुरुषसमासप्रसङ्गे तत्र सम्पूर्णसमस्तपदस्य लिङ्गम् अत्र उत्तरपदस्य लिङ्गमेव सम्पूर्णसमस्तपदस्य लिङ्गं भवति द्वन्द्वसमासप्रसङ्गे वयं दृष्टवन्तः इत्युक्ते तदर्थमपि बहूनि सूत्राणि सन्ति समासस्य लिङ्गवचननिर्णयार्थं सूत्राणि तत्र अष्टाध्याय्यां सन्ति अत्र द्वन्द्वसमासप्रसङ्गे तत्र अष्टाध्यायी
पुस्तकं पश्यामश्चेत्
अत्र अस्मिन् करपत्रे अपि भगिनी स्थापितवती द्वन्द्वसमासप्रसङ्गे तत्पुरुषसमासप्रसङ्गे तत्सूत्रं कार्यं करोति लिङ्गनिर्णयार्थम् अपि च वचननिर्णयार्थं तत् विशेषतया लिङ्ग
वयं पठितवन्तः वा
इदानीं पर्यन्तं न पठितवन्तः अत्र रामः च कृष्णः च इति द्वन्द्वसमासप्रसङ्गे वदामश्चेत् रामकृष्णौ इति पदं भवति कथं तस्य निर्णयं कुर्मः इत्युक्ते परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः इति सूत्रस्य आधारेण एव तत्र उत्तरपदस्य लिङ्गं स्वीकर्तव्यम् इत्युक्ते उत्तरपदं कृष्णः इति पदं पुंलिङ्गपदमस्ति इति कृत्वा सम्पूर्णसमस्तपदस्य लिङ्गं पुंलिङ्गं भवति अपि च केवलं तत्र पदार्थद्वयमेव अस्ति इति कृत्वा तत्र केवलं द्विवचनमेव भवति एतत् सर्वम् एतेषां सर्वेषाम् अवगमनार्थं सूत्राणि सन्ति उत्तमं महोदय धन्यवादः अनन्तरम् अत्र भानुचैतन्यमहोदय भवान् एतत् अग्रिमं परिच्छेदं पठित्वा समापयामः पठतु भानुचैतन्यमहोदय अस्ति वा नो चेत् गीताञ्जलि भगिनी भवती पठतु
भगिनी गत शनिवासरे वयं सप्तमबिन्दुः कृतवन्तः सम्पूर्ण कृतवन्तः
अत्र तावत्पर्यन्तं भगिनी समापितवती, नो चेत् अत्र अजय् महोदय अस्ति, भवान् पठति वा महोदय? अत्र कोऽपि पठतु अत्र अग्रिमं
त्रयोदश
तस्मात् पूर्वं भगिनी
अभवत् न तत्पश्चात् समासस्य लिङ्गवचनं किं निर्णीयते अग्रिमेषु पाठेषु उन्नयोः विषये सूत्राणां पठनं भविष्यति भवती प्रतिपादवती. इदानीं त्रयोदशबिन्दुः समासस्य प्रातिपदिकसंज्ञा तिष्ठति इति कारणेन प्रातिपदिकात् पुनः सुभादय विधीयन्ते स्वौजस् मौष्टश्च इति सूत्रेण. तत्र वयं सुबन्तप्रकरणं प्रविशामः, अतः सुबन्तप्रकरणस्य सामान्यज्ञानम् अति आवश्यकम्. यदि समस्तपदस्य प्रातिपदिकसंज्ञा यदि वयं आप्नुमः तद्धितसमासश्च इति सूत्रेण, तदनन्तरं समस्तपद पुनः सुप्रत्याययोजनीयं भवति, तस्य अनन्तरं पदं विवक्षानुसारं पदं निर्मीयते. यथा भवती उक्तवती रामकृष्णचौ रामकृष्णौ इति, तत्र सुप्रत्यययोजनेन औस् यदि योजनन्त रामकृष्णौ इति भवति. तत्र भवच्चक्षुषु इति उदाहरणम् अस्ति. भवच्चक्षुषु प्रथमं पूर्णतया पठामि. अत्र भवचक्षु इति पादिपदिकात् सुप्रत्यय विधीयते. सु इति प्रत्यये उपारस्य संज्ञा भवति, उपदेशे जननासिक इति. इत्यनेन तत्पश्चात् उकारस्य लोपः भवति, तस्य लोपः इत्यनेन अतः भवचक्षु योग सकार इति भवति. अधुना ससजशोरुः इति सूत्रेण पदान्तसकारस्य स्थाने रु आदेशः भवति, भवचक्षुरु इति भवति, उकारस्य इत् संज्ञा भवति, उपदेशे जनुनासिक इत् इत्यनेन तत्पश्चात् उकारस्य लोपः भवति, अस्य लोपः भवचक्षु इति भवति. अधुना खलवसानयो विसर्जनीय इति सूत्रेण पदान्तस्य रेफस्य स्थाने विसर्ग आदेशः भवति अवसान अवस्थायाम्. अतः भवचक्षुः इति समस्तपदं सिद्धम्. प्रथमा विभक्तौ एकवचने भवचक्षुः इति रूपम्. एवमेव अन्यान् सुप्रत्यानां योजित्वा सर्वेषु विभक्तिषु रूपाणि साधयितुं शक्यन्ते. रूपाणि गुरुशब्दवत् भवन्ति. उदाहरणमस्ति भवचक्षुषु. यदि वयं पूर्वं विग्रहवाक्यं दृष्टवन्तः, भवतः चक्षु, तस्य प्रातिपदिकं भवचक्षु विभक्तिलोपः भूत्वा सुपो धातु प्रातिपदिकयोनेन विभक्तिलोपः अभवत्, कृच् तद्धितसमासश्च इति सूत्रेण तस्य प्रातिपदिकसंज्ञा अभवत्. इदानीम् अस्माकं विवक्षा अस्ति विभक्ति योजना विभक्तिनिर्माणं. तद् वयं सुप्रत्ययस्य प्रथमा विभक्त्याम् एकवचनम् इति स्वीकुर्मः. अत्र भवचक्षु यदि भवति विधीयते, तद् ऊकारस्य उपदेशी अर्जुनासिक संज्ञा भवति, तस्य लोपः भवति, सुसकार एव अवशिष्यते. यदि सकारे अवशिष्यते तदनन्तरं ससजुषोरु इति सूत्रम् आगत्य तत्र सकारस्य स्थाने रु आदेशः भवति. रु आदेशः यदि भवति तदनन्तरं रु तस्मात् ऊकारस्य पुनः उपदेशे जननासिक सूत्रेण संज्ञा भवति, तस्य लोपः अपि भवति. केवलं भवचक्षुर् रेफ इति भवति. इदानीं रेफ अवसानस्थानायाम् अस्ति इत्युक्ते तस्य तस्मात् परं कोऽपि वर्णः नास्ति. खरवसानयो विसर्जनीय इति सूत्रेण रेफस्य विसर्ग आगच्छति. सो भवचक्षुः इति समस्तपदं सिद्धम्. अपि तस्य प्रथम विभक्त्या एकवचन इति रूपं साधितं भवति. तथैव अन्य स्वजस् कोऽपि विवक्षा अस्ति, तत् विभक्ति प्रत्यये योजित्वा वयं वचनं विभक्ति साधितुं शक्नुमः. भवत् चक्षुः इति तस्य अन्तिम वर्ण उकार अस्ति, अतः तस्य समस्तपदस्य भवत् चक्षुः तस्य विभक्ति गुरु रूपाणि रूपाणि गुरुशब्दवत् भवन्ति.
उत्तमम् उत्तमं भगिनि.
अन्तिमवर्ण आहत्य एकविंशति रूपाणि भवितुं शक्नोति, साधितुं शक्नुमः.
उत्तमम् उत्तमं भगिनि. इत्युक्ते आहत्यत्र स्वौज समौट् इति बहु दीर्घं सूत्रमस्ति. सूत्रं किं वदति इत्युक्ते केवलं तस्मिन् सूत्रे एकविंशतिसुप्रत्ययाः दत्ताः. आरम्भे भवच्चक्षु इति पदस्य प्रातिपदिकसंज्ञा भवति, तदनन्तरं सुप्रत्ययस्य योजनं भवति. सुप्रत्ययस्य योजनसमये अत्र कानिचन सूत्राणि उक्तानि, अनुनासिक उपदेशे जनुनासिक इति ये जनाः इतिसंज्ञाप्रकरणं जानन्ति ते सर्वे एतत् सर्वं जानन्ति. इत्युक्ते तत्र आरम्भे भवच्चक्षु इति पदं तत्र प्रातिपदिकमस्ति. कृत्तद्धितसमासाश्च सूत्रेण प्रातिपदिकसंज्ञा समस्तपदस्य प्रातिपदिकसंज्ञा भवति. तत्र प्रातिपदिकं भवच्चक्षु. अधुना प्रथमाविभक्तिप्रत्ययं योजयामः. तत्र सुप्रत्ययात् सु इति प्रत्ययः अस्ति, तत्र उकारस्य लोपः केन, उपदेशे जनुनासिक इत् इत्यनेन. तत् सूत्रं केवलं संज्ञासूत्रमेव, तस्य लोपः इति विधिसूत्रं. विधिसूत्रेण तस्य उकारलोपः भवति, तत्र केवलं सा एव तिष्ठति. साकार तदनन्तरं किं भवति, ससजुषोरुः इति सूत्रं कार्यं करोति. तत्र पदान्तसकारस्य स्थाने इति लिखितमस्ति. इत्युक्ते अत्र सकारः पदान्ते अस्ति इति कृत्वा यदि वयं ससजुषोरुः इति सूत्रं पश्यामश्चेत् इतोपि वयं स्पष्टतया सूत्रस्य विषये अवगन्तुं शक्नुमः. किन्तु समयाभावात् वयं न पठामः अद्य, किन्तु अग्रिमे सप्ताहे पठामः. अत्र ससजुषोरुः इति सूत्रेण तत्र स्थितस्य सकारस्य स्थाने रु आदेशः भवति. तदनन्तरं रु इत्यस्मात् पुनः उकारस्य लोपः उपदेशे जनुनासिके इत्यनेन लोपः, तत्र तस्य लोपः इति विधिसूत्रेण भवति. भवच्चक्षुर् रूपम् आगच्छति. तत्र अन्तिम भवच्चक्षुर् इत्यस्मिन् रेफः अन्तिमवर्णः. तदर्थमेव अत्र अवसानावस्थायां रेफः अस्ति इति कारणतः पदान्तस्य रेफस्य स्थाने खरवसानयोर्विसर्जनीयः सूत्रेण विसर्गादेशः भवति इति खरवसानयोर्विसर्जनीयः सूत्रं वदति. तत्सूत्रमपि अस्मिन् करपत्रे एव दत्तमस्ति. साधारणतया वयं समस्तपदं प्रथमाविभक्त्यां निर्मामः, तदनन्तरम् अस्माकं विवक्षानुगुणं त्रिषु वचनेषु सप्तसु विभक्तिषु तस्य रूप भिन्नभिन्न विभक्तिप्रत्ययानां योजनेन भिन्नरूपाणि अस्माकं विवक्षानुगुणं निर्मातुं शक्नुमः. किन्तु आरम्भे प्रथमाविभक्ति एकवचनान्तरूपमेव साधारणतया वयं निर्मामः. अत्र यथा सरला भगिन्या उक्तं भवच्चक्षुः इति पदं तत्र उकारान्तपदं गुरुशब्दवत् तस्य रूपाणि साधनीयानि. अन्तिमं वाक्यम् अत्र का वदति, सूर्यकुमारी भगिनी पठति वा? एतदपि बहु प्रमुखं वाक्यं मनसि
स्थातव्यं. यदा पूर्वं चर्चितं यदा समासः निष्पद्यते तदा समासे नूतनानां विशेषणानां योजनं न अर्हति. नूतन समासपदे अन्यविशेषणप्रसक्ति नास्ति, न अर्हति.
इत्युक्ते अस्मिन्नेव करपत्रे वयं पूर्वं चर्चितवन्तः यद् एकवारं समस्तपदनिर्माणं भवति अत्र राजपुरुषः इति पदं स्वीकृत्य भगिन्या लिखितमस्ति एकवारं राजपुरुषः इति पदं निर्मामः तदा किमपि विशेषणं तस्य अन्ते योजयितुं न शक्यते तत्र उत्तमराजपुरुषः इति किमपि भगिन्या दत्तमस्ति इत्युक्ते एकवारं समस्तपदनिर्माणं भवति चेत् तदनन्तरं तत्र अन्यत् विशेषणपदस्य अन्यविशेषणपदस्य योजनं कर्तुं न शक्यते इति विषयः अत्र अस्माकम् अवगमनार्थं भगिन्या सूत्राणि दत्तानि पुनः सूत्राणि एकवारं पश्यन्तु अपि च प्रत्याहाराः विषये किञ्चित् जानन्तु तत्र माहेश्वराणि सूत्राणि दृष्ट्वा कीदृशप्रत्याहारे के वर्णाः सन्ति एतत् सर्वम् अस्माभिः ज्ञातव्यं नो चेत् अवगमनं न भवति तदर्थं माहेश्वरसूत्राणि पश्यन्तु तत्र प्रत्याहाराः विषये अपि किञ्चित् पठित्वा अवगन्तुं प्रयत्नं कुर्वन्तु अधुना कालातीतः अभवत् किन्तु वयं समीचीनतया चिन्तनं कृतवन्तः सर्वेषां धन्यवादः
धन्यवादः भगिनी
धन्यवादः भगिनी